सर्वेषां समासचिन्तनवर्गे पुनः एकवारं स्वागतम्। पूर्वस्मिन् वर्गे अस्माभिः किं पठितम् इत्यस्मिन् विषये किञ्चित् पुनस्मरणरूपेण किञ्चित् वदामि। प्रादिगणः नाम्ना एकः गणः अस्ति, तस्मिन् गणे केचन शब्दाः सन्ति, तेषां शब्दानां निपातसंज्ञा भवति प्रादयः इति सूत्रेण। तेषां प्रादीनाम् एव उपसर्गसंज्ञा भवति उपसर्गाः क्रियायोगे इति सूत्रेण। तेषां प्रादीनाम् एव गतिश्च इति सूत्रेण गतिसंज्ञा भवति। अपि च तेषां प्रादीनाम् एव अव्ययसंज्ञा भवति स्वरादिनिपातमव्ययम् इति सूत्रेण। आहत्य प्रादीनाम् अव्ययसंज्ञा भवति इति वयं दृष्टवन्तः। प्रादीनां यद्यपि वयं बहूनां पदानां शब्दानां विषये पठितवन्तः, तथापि अस्माकम् अवधानं तु प्रादीनां प्रसङ्गे एव। प्रादीनां प्रयोगः एव अव्ययीभावसमासे भवति। अपि च यानि यानि सूत्राणि मया पूर्वम् उक्तानि तानि सूत्राणि आकडारादेका संज्ञा इति सूत्रस्य अधिकारे सन्ति इति कृत्वा, प्रादीनां तिस्रः संज्ञाः एकस्मिन् समये एकत्र भवितुमर्हन्ति वा इति प्रश्नः उदेति, तस्य प्रश्नस्य उत्तरं वयं प्राप्तवन्तः। गतिश्च इति सूत्रे चकारः अस्ति, चकारस्य ग्रहणेन तिस्रः संज्ञाः एकत्र भवितुमर्हन्ति इति वयम् अवगतवन्तः। पुनः अत्र अव्ययीभावसमासप्रसङ्गे अव्ययीभावः इति अधिकारसूत्रेण विशिष्टसंज्ञा दीयते, अपि च अव्ययीभावश्च इति सूत्रेण अव्ययीभावसमासः अव्ययं भवति। अव्ययं भवति चेत् किं प्रयोजनम् इति पश्यामश्चेत्, अव्ययात् आप्सुपः इति सूत्रेण अव्ययात् परस्य सुप्रत्ययस्य लोपः भवति अव्ययात् आप्सुपः इति सूत्रेण। इत्युक्ते अव्ययपदस्य परे स्थितस्य सुप्रत्ययस्य लोपः भवति अव्ययपदमस्ति इति कृत्वा। तदनन्तरं यदि अव्ययीभावसमासयुक्तं पदम् अव्ययं भवति चेत् तस्य रूपाणि सर्वत्र समानानि भवन्ति वा इति प्रश्नः उदेति। तदा यदि अन्यसूत्राणि न सन्ति चेत् समानानि भवन्ति एव, किन्तु अन्यसूत्राणि प्रसक्तानि इति कृत्वा तत्र अव्ययीभावसमासयुक्तपदानि सर्वासु विभक्तिषु समानानि न भवन्ति। तदर्थं सूत्रद्वयमस्ति, नाव्ययीभावादतोन्त्यदतोन्त्वपञ्चम्याः इति एकं सूत्रमस्ति, तृतीया सप्तम्योर्बहुलम् इति अन्यत् सूत्रमस्ति। एताभ्यां द्वाभ्यां सूत्राभ्याम् अव्ययीभावसमासस्य रूपाणि भिन्नानि भवन्ति भिन्नासु विभक्तिषु। इत्युक्ते अपि च अव्ययीभावसमासस्य समासः नपुंसकलिङ्गपदं भवति। किमर्थमित्युक्ते अव्ययीभावश्च इति एकं सूत्रमस्ति, तत् सूत्रं प्रथमाध्याये अस्ति अपि च द्वितीयाध्याये अपि अस्ति। प्रथमाध्याये अस्ति इति कारणतः अव्ययं भवति, तत्र प्रथमाध्याये यत् सूत्रमस्ति तेन अव्ययं भवति। द्वितीयाध्याये अव्ययीभावश्च इति सूत्रमस्ति, तस्य नामकरणं तु समानं किन्तु कार्यं भिन्नं। तदर्थम् अव्ययीभावश्च इति सूत्रं द्वितीयाध्याये यदस्ति तेन अव्ययीभावसमासः नपुंसकलिङ्गपदं भवति। तेन किं प्रयोजनम् इति पश्यामश्चेत्, नपुंसकलिङ्गपदं भवति चेत् नपुंसकत्वेन यानि कार्याणि भवितुमर्हन्ति तादृशानि कार्याणि अत्रापि भवन्ति इति विषयः। तत्र यदा अव्ययीभावसमासः नपुंसकलिङ्गपदं भवति तदा ह्रस्वो नपुंसके प्रातिपदिकस्य इति एकं सूत्रमस्ति। तेन सूत्रेण पदम् अजन्तप्रातिपदिकमस्ति चेत् तस्य ह्रस्वत्वं भवति, ह्रस्वो नपुंसके प्रातिपदिकस्य इति सूत्रेण। इत्युक्ते तत्र अजन्तप्रातिपदिकस्य ह्रस्वत्वं भवति, ह्रस्वानन्तरम् अपि कानिचन कार्याणि भवन्ति। ह्रस्वानन्तरं प्रातिपदिकम् अदन्तम् इत्युक्ते ह्रस्वकारान्तपदमस्ति चेत् तदा सुप्रत्ययस्य लोपः न भवति, अव्ययात् आप्सुपः इति सूत्रेण तत्र लुक् निषेधः भवति, तदनन्तरं नाव्ययीभावादतोऽन्त्वपञ्चम्याः इति सूत्रेण तत्र अम आदेशः भवति, किन्तु पञ्चमीविभक्त्यां न भवति। अपि च तृतीया सप्तम्योर्बहुलम् इति सूत्रेण तृतीयाविभक्त्याम् अपि च सप्तमीविभक्त्यां विकल्पेन रूपद्वयं सिद्ध्यति इति वयं किञ्चित् अवगतवन्तः। एतानि सूत्राणि पुनः एकवारम् अद्य परिशीलयामः। अपि च अन्यः विषयः अस्ति अव्ययीभावसमासे समासान्तप्रत्ययाः विधानं भवति। समासान्तप्रत्ययाः सर्वदा समासस्य अवयवः भवति इति कृत्वा सम्पूर्णशब्दस्वरूपस्य प्रातिपदिकसंज्ञा भवति। तेन प्रातिपदिकसंज्ञा भवति चेदेव तत्र पुनः सुबुत्पत्तिः भवति इति विषयः। अपि च समासान्तप्रत्ययानां प्रसङ्गे किञ्चित् वदामि। तत्र अव्ययीभावसमासे एकः एव समासान्तप्रत्ययः विधीयते, टच् नाम्ना। सः टच् प्रत्ययः कुत्र विधीयते अपि च कैः सूत्रैः टच् प्रत्ययः विधीयते, टच् प्रत्ययः कुत्र नित्यरूपेण भवति, कुत्र विकल्पेन भवति, तत्र कानि कानि सूत्राणि तत्र प्रसक्तानि, एतत् सर्वम् अद्य वयं परिशीलयामः। अपि च समासान्तप्रत्ययाः तद्धिताधिकारे सन्ति, इत्युक्ते तद्धितप्रकरणे यानि यानि सूत्राणि सन्ति तेषां सूत्राणां द्वारा अत्रापि, इत्युक्ते समासान्तप्रत्ययविधाने अपि कानिचन कार्याणि भवन्ति इति कृत्वा समासान्तप्रत्ययाः तद्धिताधिकारे स्थापितानि सन्ति। अपि च अन्तिमविषयः अस्ति तत्र ज्ञाप्रातिपदिकात् इति एकं सूत्रमस्ति, तत् सूत्रम् अधिकारसूत्रं, तस्मिन् अधिकारे प्रातिपदिकात् समासान्तप्रत्ययाः विधीयन्ते इति विषयः। तत्र अद्य वयं एतावत्पर्यन्तं वयं गते सप्ताहे एव पठितवन्तः। अद्य वयं ज्ञाप्रातिपदिकात् इति सूत्रात् आरभ्य अद्य पठेम। सर्वे एकवारं करपत्रं पुरतः स्थापयन्तु, ज्ञाप्रातिपदिकात् सूत्रात् आरभ्य पठामः। उत्तमम्। अधुना अत्र अरुणा भगिनी भवत्याः पार्श्वे अस्ति वा?
प्रातिपदिकात् इति सूत्रं चतुर्थ अध्याये प्रथमपादे एक प्रथम सूत्रः अधिकारः प्रथम चतुर्थ अध्याय प्रथमपाद प्रथमसूत्र सः पञ्च अष्टाध्याय चतुर्पाद षड्विंशति अधिकशत सूत्रपर्यन्तं वर्तते। चतुर्थे पञ्चमी च अध्यायोः यावन्तः प्रत्ययाः विहिताः ते सर्वे प्रातिपदिकेभ्यः ज्ञप्तेभ्यः आबन्तेभ्यः वा आयन्ति। ज्ञान्तरूपाणि आबन्तरूपाणि च स्त्रीलिङ्गरूपाणि इति। तर्हि आहत्य चतुर्थे पञ्चमे च अध्याययोः सर्वाणि सुबन्ध विधायकसूत्राणि सन्ति। तेषु सर्वेषु यत्किमपि विहितं प्रत्ययः इत्यनेन यः विहितः तस्य नाम प्रत्ययः। अपि च यः विहितः सः सर्वत्र प्रातिपदिकात् ज्ञान्तात् आबन्तात् वा विहिताः भवन्ति। सूत्रं ज्ञा प्रातिपदिकात् सूत्रं वदति चतुर्थे पञ्चमे अध्यायोः यावन्तः प्रत्ययः विहिताः ते सर्वे अपि प्रत्ययः प्रातिपदिकेभ्यः वा ज्ञान्तेभ्यः आबन्तेभ्यः वा आयन्ति। ज्ञान्तेभ्यः इति अर्थं किम् इति चेत् ज्ञान्तरूपाणि आबन्तरूपाणि च स्त्रीलिङ्गरूपाणि एव। स्त्रीलिङ्गरूपपत्यायाः तर्हि आहत्य चतुर्थे पञ्चमे अध्यायोः सर्वाणि सुबन्तविधायकसूत्राणि सन्ति. तेषु सर्वेषु यत्किमपि विहितम् अहम् न अवगतं भगिनि.
कृपया किञ्चित् ध्वनिः अस्ति भगिनि, कृपया म्यूट् करोतु, किञ्चित् परिशीलयामः अद्य. अत्र ज्ञाप्रातिपदिकात् इति पदमस्ति. तत्र वयं पदस्य पदविच्छेदं कुर्मः चेत् तत्र णीप् च आप् च प्रातिपदिकं च, तस्मात् तत्र णीप् च आप् च प्रातिपदिकं च इति वदामश्चेत् तत्र ज्ञाप् प्रातिपदिकम् इति एकं पदं सिद्ध्यति. तत् पदं समाहारद्वन्द्वसमासयुक्तं पदम्. अस्य सूत्रस्य विग्रहवाक्यम् अत्र अस्मिन् सूत्रे एकमेव पदमस्ति ज्ञाप् प्रातिपदिकात्. तत्र पञ्चमीविभक्त्यन्तं रूपम् अस्ति, इत्युक्ते णीप् च आप् च प्रातिपदिकं च तस्मात् इति भवति. समाहारद्वन्द्वसमासः अस्ति. अत्र णीप् इति वदामश्चेत् तत्र त्रयः स्त्रीप्रत्ययाः सन्ति, णीप् णीष् णीन् एते प्रत्ययाः स्थीप्रत्ययाः सन्ति. साधारणतया दीर्घ ईकारान्तस्त्रीलिङ्गपदानि एतेषां प्रत्ययानाम् एतेषु प्रत्ययेषु अन्यतमं प्रत्ययं तत्र योजयामश्चेदेव दीर्घ ईकारान्तपदं स्त्रीलिङ्गपदं सिद्ध्यति. इत्युक्ते तत्र त्रयः स्त्रीप्रत्ययाः सन्ति णीप्रत्ययाः. आप्रत्ययाः अपि त्रयः सन्ति, टाप् डाप् छाप् नाम्ना त्रयः स्त्रीप्रत्ययाः सन्ति. तेषु अन्यतमं प्रत्ययं योजनेन तत्र आकारान्तस्त्रीलिङ्गपदानि सिद्ध्यन्ति इति मुख्यविषयः. किन्तु अत्र तृतीयमस्ति प्रातिपदिकात्. एतत् सूत्रम् अधिकारसूत्रमस्ति, अपि च प्रातिपदिकात् अस्मिन् अधिकारे, अस्य सूत्रस्य अधिकारे यः विहितः भवति तस्य नाम प्रत्ययः. प्रातिपदिकात् प्रत्ययः विधीयते. अत्र मुख्यविषयः तु साधारणतया तृतीयाध्याये धातोः इत्यस्य अधिकारः अस्ति. धातुतः प्रत्ययाः विहिताः भवन्ति तृतीयाध्याये, किन्तु चतुर्थाध्याये पञ्चमाध्याये प्रातिपदिकात् प्रत्ययाः विधीयन्ते इति मुख्यविषयः अत्र. णीप् च आप् च प्रातिपदिकं च, अत्र अस्माकं मुख्यविषयः तु प्रातिपदिकम्. अत्र प्रातिपदिकात् एव सुप्रत्ययानां विधानं भवति अस्य सूत्रस्य अधिकारे. पूर्वं वयं समासान्तप्रत्ययानां प्रसङ्गे किञ्चित् अवगतवन्तः. समासान्तप्रत्ययाः समासस्य अवयवाः भवन्ति, अपि च एकवारं तत्र समासान्तप्रत्ययस्य योजनानन्तरं सम्पूर्णशब्दस्वरूपस्य प्रातिपदिकसंज्ञा अस्ति चेदेव अन्तिमसोपाने सुपः विधानं भवितुमर्हति इति विषयः. तदर्थमेव अत्र ज्ञाप्रातिपदिकात् इति सूत्रस्य अधिकारे प्रातिपदिकात् सुपः विधानं भवति इति मुख्यविषयः. उत्तमं भगिनि. अनन्तरम् अत्र वदतु किं वदतु, पुनः वदतु.
अत्र सूत्रं वदति नी अस्ति चेत्, नो चेत् आप् अस्ति चेत्, नो चेत् प्रातिपदिकम् अस्ति चेत् प्रत्यय विधीयते इति खलु.
आम्, इत्युक्ते अत्र एतत् सूत्रम् अधिकारसूत्रमस्ति. अस्मिन् अधिकारे यद्यपि निबन्तानां प्रसङ्गः अस्ति, आबन्तानां प्रसङ्गः अस्ति, किन्तु अस्माकं विषयः तु केवलं प्रातिपदिकम्. इत्युक्ते प्रातिपदिकात् एव प्रत्ययाः विधीयन्ते. अस्य सूत्रस्य अधिकारे तादृशं कार्यं भवति. तत्र समासान्तप्रत्ययस्य योजनानन्तरं तत्र सम्पूर्णं शब्दस्वरूपं प्रातिपदिकं भवति चेदेव तत्र अन्तिमसोपाने सुपः विधानं भवितुमर्हति इति कृत्वा एतत् सर्वम् अस्य सूत्रस्य अधिकारे भवति इति मम अवगमनम्.
अस्तु नी अपि च आप् किम्
गुणसन्धि
ज्ञाप्
नी अपि अपि च आप् के स्तः इति उक्तवती.
अत्र नीप् इति इत्युक्ते तत्र अत्रैव लिखितमस्ति तेषां प्रत्ययानां योजनेन स्त्रीलिङ्गरूपाणि सिद्ध्यन्ति. नीबन्त नीप् प्रत्ययस्य योजनेन आप् प्रत्ययस्य योजनेन इत्युक्ते अत्र साधारणतया शाला इति पदमस्ति चेत् तत्र आप् प्रत्ययः अस्ति तस्य अन्ते अथवा न गौरी इति पदमस्ति चेत् तत्र नीप् प्रत्ययः अस्ति तथा एतेषां प्रत्ययानां योजनेन स्त्रीलिङ्गरूपाणि आकारान्तस्त्रीलिङ्गरूपाणि
ईकारान्तरूपाणि
सिद्ध्यन्ति.
धन्यवादः.
अनन्तरम् अत्र दर्शना भगिनी भवती पठतु अग्रिमपरिच्छेदम्. अस्ति वा नो चेत् ललिता भगिनी भवती पठतु समयाभावात् शीघ्रं चलामः.
पठामि. अव्ययीभावसमासे यत्र समासान्तप्रत्ययः विधीयते तत्र तच् इति प्रत्ययः एव विधीयते. कुत्रचित् नित्यरूपेण विधीयते, कुत्रचित् विकल्पेन विधीयते. अव्ययीभावसमासे समासान्ताधिकारात् एतानि सूत्राणि प्रसक्तानि भवन्ति. तच् इति प्रत्ययस्य विधानेन प्रक्रियायाम् अव्ययीभावसमासः अदन्तः भवति येन नाव्ययीभावात् अतोऽङ्कपञ्चम्याः इत्यनेन सुप्रत्ययस्य स्थाने अमादेशः सिद्ध्यति. तर्हि अव्ययीभावसमासे यत्र यत्र समासान्तप्रत्ययः विधीयते तच् इति प्रत्ययः आयाति. कुत्रचित् नित्यरूपेण भवति, कुत्रचित् विकल्पेन भवति. अधिकारात् इति अविभावसमासे अधिकारात् इति समास अधिकारात् इति एतानि सूत्राणि प्रसक्तानि अस्ति सन्ति. तच् इति प्रत्यय इति प्रत्ययस्य उपयुज्येन प्रक्रियायाम् अविभावसमासः अदन्तः भवति. केन सूत्रेण भवति? न अव्ययीभावात् अतोऽङ्कपञ्चम्याः इति सूत्रेण भवति. अनन्तरं सुप्रत्ययस्य स्थाने अमादेशः सिद्ध्यन्ति.
अत्र अत्र किं यद् लिखितमस्ति तद् पठितवती, किन्तु अत्र पूर्वस्मिन् अत्र चिन्ता मास्तु. अत्र पूर्वस्मिन् परिच्छेदे यावन्तः प्रत्ययाः सन्ति इति लिखितमस्ति, तत्र यावन्तः इति पदस्य विषये किञ्चित् वदतु. एकवचने वक्तुमिच्छति चेत् किं वदामः तत्र? तस्मिन् प्रसङ्गे किञ्चित् वदामि. इत्युक्ते तत्र प्रत्ययाः इति बहुवचनमस्ति इति कृत्वा यावन्तः इति लिखितमस्ति. तत्र प्रातिपदिकमस्ति यावत्, प्रातिपदिकमस्ति, मतु प्रत्ययान्तरूपमस्ति, परिमाणस्य प्रसङ्गे तस्य प्रयोगं कुर्मः. प्रातिपदिकं यावत्, पुंलिङ्गे यावान् इति भवति, स्त्रीलिङ्गे यावती भवति, नपुंसकलिङ्गे यावत् भवति. एतत् पदं त्रिषु लिङ्गेषु भवितुमर्हति. अपि च अत्र प्रत्ययाः इति पदं पुंलिङ्गबहुवचनमस्ति इति कृत्वा यावन्तः प्रत्ययाः इति लिखितमस्ति. अत्र विहितः इति पदं धा धातोः रूपं, वि उपसर्गपूर्वकः धा धातोः रूपम्. अपि च अत्र विषयान्तरमस्ति तस्य विषयः, किन्तु अस्मिन् परिच्छेदे किं लिखितमस्ति इत्युक्ते मुख्यविषयः तु अन्येषु समासेषु भिन्नसमासान्तप्रत्ययाः सन्ति, किन्तु अव्ययीभावसमासे केवलं टच् एव टच् एव अस्ति. इत्युक्ते अव्ययीभावसमासे यः समासान्तप्रत्ययः विधीयते तस्य नाम टच्. सः टच् प्रत्ययः भिन्नाभ्यां सूत्राभ्यां भिन्नैः सूत्रैः विधीयते. अत्र पञ्चसूत्राणि दत्तानि. अपि च यदि वयं कोष्टकं परिशीलयामश्चेत् तत्र पञ्चसूत्राणि अत्र लिखितानि. तत्र प्रथमसूत्रेण टच् प्रत्ययः समासान्तप्रत्ययः नित्यरूपेण भवति. द्वितीयसूत्रेण अपि नित्यरूपेण भवति. किन्तु तृतीयसूत्रात् आरभ्य पञ्चमसूत्रपर्यन्तं तत्र त्रिभिः सूत्रैः समासान्तप्रत्ययाः विकल्पेन विधीयन्ते इति मुख्यविषयः. इत्युक्ते टच् प्रत्ययः एव अव्ययीभावसमासे भवति. किन्तु कुत्रचित् नित्यरूपेण भवति, कुत्रचित् विकल्पेन भवति. किन्तु तस्मिन् विषये इतोपि विस्तरेण ज्ञातव्यम् अस्माभिः. अपि च अत्र मुख्यविषयः अस्ति अव्ययीभावसमासे समासान्त अधिकारात्. इत्युक्ते अत्र यानि सूत्राणि दत्तानि तानि सर्वाणि समासान्ताधिकारे सन्ति. नो चेत् तेषां प्रसक्तिः एव अत्र न भवति. इत्युक्ते अत्र पञ्चसूत्राणि उक्तानि टच् समासविधानार्थं. तानि सूत्राणि समासान्ताधिकारे सन्ति. अपि च टच् प्रत्ययस्य योजनेन कीदृशपरिवर्तनं भवति तत्र समस्तपदे इति परिशीलयामश्चेत् अव्ययीभावसमासयुक्तं पदम् अदन्तं भवति. इत्युक्ते अकारान्तत्वं सिध्यति, अदन्तत्वं सिध्यति. इत्युक्ते अदन्तपदं भवति. अदन्तम् इत्युक्ते किं भगिनि वदतु?
अदन्तम् इत्युक्ते उदाहरणेन शाला, अकारान्त
इत्युक्ते ह्रस्व अकारान्तपदं भवति. आहत्य टच् इति प्रत्ययस्य योजनेन प्रक्रियाकाले अव्ययीभावसमासयुक्तं पदम् अदन्तपदं भवति इति विषयः. तत्र तस्मिन् प्रसङ्गे किञ्चित् वदामि. तत्र एकं सूत्रमस्ति, तुल्यास्य प्रयत्नं सवर्णम् इति एकं सूत्रमस्ति व्याकरणे. तुल्यास्य प्रयत्नं सवर्णम् इति सूत्रेण अकारस्य अष्टादश अकाराः सन्ति. अष्टादश अकाराणाम् अष्टादश अकाराः तेन उच्यन्ते तुल्यास्य प्रयत्नं सवर्णम् इति सूत्रेण. तेषाम् अष्टादश अकाराणां सवर्णसंज्ञा दीयते. तदनन्तरं तत्र एकं सूत्रमस्ति, अणुदित् सवर्णस्य च प्रत्ययः इति एकं सूत्रमस्ति. तेन सूत्रेण सर्वेषाम् अकाराणां ग्रहणं भवति. किन्तु अत्र अस्माकं कृते एकम् अन्यत् सूत्रमस्ति, तपरस्तत्कालस्य तपरस्तत्कालस्य इति सूत्रमस्ति. तेन सूत्रेण अत्र केवलं ह्रस्व अकारस्य एव ग्रहणं भवति. तपरः यस्मात् सः इति विग्रहवाक्यमस्ति. तपरः इति वदामश्चेत् तः परः यस्मात् सः तपरः. तपरस्तत्कालस्य इति सूत्रेण अत्र ह्रस्व अकारस्य एव ग्रहणं भवति. इत्युक्ते उच्चारणसमकालस्य ग्रहणम् इति वदामः. आहत्य टच् प्रत्ययस्य योजनेन अदन्तपदं भवति. यदा अदन्तपदं भवति तदा अन्यानि कार्याणि अपि भवन्ति. नाव्ययीभावादतोऽन्त्वपञ्चम्याः इति सूत्रेण अन्यानि कार्याणि भवितुमर्हन्ति. अन्यानि कार्याणि इत्युक्ते यदा पदम् अदन्तं भवति तदा तस्य अन्ते अमादेशः भवति इति विषयः. उत्तमम्. अनन्तरम् अरविन्द महोदय, भवान् पठतु, कोष्टके किं लिखितमस्ति?
आं भगिनि, सूत्राङ्कसूत्रं प्रत्ययविधानम् उपप्रकरणं पञ्चमध्यायचतुर्थपादे सप्त अधिक एकशतं सूत्रम् अव्ययीभावे शरत्प्रभृतिभ्यः प्रत्ययविधानं टच् उपप्रकरणमस्ति अव्ययीभावसमासः. अनश्च तदापि तच् प्रत्ययविधानम् उपप्रकरणं तदेव अव्ययीभावसमासे एव वर्तते. नपुंसकात् अन्यतरस्यां वैकल्पिक टच् प्रत्ययविधानम् अव्ययीभावसमासस्य उपप्रकरणं. नदी पौर्णम्यासि आग्राहायणीभ्य वैकल्पिक टच् अव्ययीभावसमासः. झयः वैकल्पिक टच् अव्ययीभावसमासः. कोष्टके पञ्चसूत्राणि दत्तं, तत् सर्वं ज्ञाप्रातिपदिकात् इति सूत्राधिकारे अन्ते वर्तते वर्तन्ते. किन्तु केवलं पञ्चसूत्रात् एव अव्ययीभावसमासस्य अधिकारं क्रियते. तत् प्रत्ययविधानसूत्राणि एव अव्ययीभावसमासे शरत्प्रभृतिभ्यः एवम् अनच्च तत् द्वे सूत्रे टच् इति नित्यसमास अन्धप्रत्यया विधीयन्ते. किन्तु नपुंसकान्यतरस्यां नदीपौर्णमास्याग्राहायणिभ्य एवं झश्च झय इति सूत्राणि वैकल्पिकेन टच् सूत्रस्य टच् प्रत्ययस्य विधानं भवन्ति इति कोष्टके दत्तम्.
उत्तमम् इत्युक्ते अत्र नित्यरूपेण भवति इत्युक्ते प्रक्रियाकाले वयम् इतोपि स्पष्टतया अवगन्तुं शक्नुमः. तत्र नित्यरूपेण भवति इत्युक्ते एकमेव रूपं सिद्ध्यति तत्र अव्ययीभावे शरत्प्रभृतिभ्यः अनश्च एताभ्यां सूत्राभ्यां टच् प्रत्ययस्य विधानेन तत्र एकमेव रूपं सिद्ध्यति. किन्तु नपुंसकादन्यतरस्यां नदीपौर्णमास्या अग्रहायणीभ्यः झयः एताभिः सूत्रैः तत्र विकल्पेन इत्युक्ते रूपद्वयं सिद्ध्यति. यदि एतत् कोष्टकम् अस्माकं मनसि अस्ति चेत् प्रक्रियाकाले अस्माकं कार्यं बहु सुलभं भवति इति मुख्यविषयः. इत्युक्ते केन सूत्रेण नित्यरूपेण भवति, केन सूत्रेण विकल्पेन रूपद्वयं भवति, रूपद्वयमपि अस्माभिः ज्ञातव्यम् अत्र. तदर्थम् एतत् कोष्टकं मनसि स्थापनीयम्. एताभिः पञ्चभिः सूत्रैः टच् इति समासान्तप्रत्ययः अव्ययीभावसमासे विधीयते इति मुख्यविषयः. उत्तमम्. अनन्तरं बालसुब्रह्मण्यमहोदय भवान् पठतु अग्रिमम्.
सो नदी पूर्णमास्याग्रहायणीभ्यः अव्ययीभावसमासस्य उत्तरपदे नदी.
महोदय अत्र तस्मात् पूर्वम् अव्ययीभावप्रसङ्गे तस्मात् आरभ्य पठतु.
अव्ययीभावप्रसङ्गे समासान्तप्रत्ययः कदा विधीयते इत्यस्य सारांशः अत्र दीयते. सूत्राणां व्याख्यानम् अग्रे भविष्यति. सो कुत्र कुत्र समासान्तप्रत्ययः विधीयते इति अधः निर्दिष्टः. प्रथमम्
अग्रे पठतु.
अव्ययीभावे शरत् प्रभृतिभ्यः शरदादिगणे ये शब्दाः पठिताः ते शब्दाः उत्तरपदे विद्यन्ते चेत् तस्मात् टच् इति समासान्तप्रत्ययः विधीयते अव्ययीभावे शरत् प्रभृतिभ्यः इति सूत्रेण, यथा शरद् इति प्रातिपदिक. इतोपि पठामि अथवा
तावद् वदतु. अत्र सूत्रस्य प्रसङ्गे किञ्चित् लिखितम् अस्ति, किञ्चित् वदतु.
शरदादिगणे ये शब्दाः पठिताः ते शब्दाः उत्तरपदे यदि विद्यते तत्र टच् इति समासान्तप्रत्ययः विधीयते.
उत्तमम्. अत्र उदाहरणार्थं शरद् इति प्रातिपदिकं दत्तमस्ति. इत्युक्ते आहत्य अत्र विषयः कः इत्युक्ते शरदादिगणः नाम्ना एकः गणः अस्ति. तस्मिन् गणे केचन शब्दाः सन्ति, किन्तु अत्र अस्मिन् परिच्छेदे सर्वाणि पदानि न दत्तानि. के शब्दाः अस्मिन् गणे सन्ति इति एकवारम् अहं दृष्टवती, अतः एकवारं वदामि. शरद्, विपाश, अनश्, मनस्, उपानः, दिह्, दिव्, हिमवत्, अनुडुः, दिश्, दृश्, विश्, चेतस्, चतुर्, त्यद्, तद्, कियत् इत्यादीनि पदानि तस्मिन् गणे सन्ति, शरदादिगणे सन्ति. इत्युक्ते तत्र अत्र अन्तर्जाले दृष्टवती भगिनि.
मम प्रश्नः आसीत् कथं वयं ज्ञातुं शक्नुमः इदानीं तु शरद् गण अस्ति, च गण अस्ति, च आदिगण अस्ति, प्रादयगण अस्ति, तेषां के शब्दाः सन्ति इति वयं कथं जानीमः इति मम प्रश्नः आसीत्. अन्तर्जाले दृष्टवती भवती.
अन्तर्जाले एव दृष्टवती. अत्र वयं सर्वदा साधारणतया जानीमः एव अस्मिन् गणे प्रथमं पदं शरद् अस्ति इति कारणतः तस्य गणस्य नाम शरदादिगणः. शरत् आदयः, शरत्रादयः शब्दाः अस्मिन् गणे सन्ति इति कृत्वा तस्य नाम शरदादिगणः. इत्युक्ते शरदादिगणे कानिचन पदानि सन्ति, केचन शब्दाः सन्ति. तेषु शब्देषु अन्यतमं पदम् उत्तरपदमस्ति चेत् अव्ययीभावसमासप्रसङ्गे तदा टच् इति समासान्तप्रत्ययः विधीयते, अपि च नित्यरूपेण भवति. अत्र अस्मिन् गणे बहूनि पदानि सन्ति, किन्तु वयं कानिचन पदानि जानीमः. तदर्थं वदामि. एकं पदमस्ति चेतस्, सकारान्तपदं, चेतः, चेतसि, चेतां, मनस्
शब्दः,
मनसिव, मनसि शब्दः अपि अस्ति, मनः, मनसि, मनांसि. अपि च अन्यत् पदं कियत् इति एकं पदम् अस्ति, दिश् इति एकं पदम् अस्ति, अपि च अन्यानि अहं न सम्यक्तया न जानामि, किन्तु शरद् इति पदम् अस्ति. शरद् इति पदम् उत्तरपदमस्ति इति कृत्वा तत्र पदं किं भवति? उपशरदम् इति अव्ययीभावसमासयुक्तं पदं सिद्ध्यति तत्र. इत्युक्ते शरद् इति दकारान्तपदमस्ति चेदपि तत्र टच् इति प्रत्ययस्य योजनेन, टच् प्रत्ययस्य योजनेन किं भवति? तत्र टच् इत्यस्मात् टकारस्य इति संज्ञा भवति, चकारस्य इति संज्ञा भवति, चकारस्य इति संज्ञा हलन्त्यम् इत्यनेन भवति, तकारस्य इति संज्ञा चुटु इत्यनेन भवति, तत्र अकारः एव तिष्ठति. तेन शरद् योगः अ शरद इति भवति. शरद भवति चेत् तत्र पदं ह्रस्व अकारान्तपदम् अस्ति. अधुना अमादेशः भवति. अमादेशः भवति चेत् शरदम् इति आयाति. किन्तु पूर्वम् अव्ययपदं भवेत्. पूर्वपदार्थप्रधानः अव्ययीभावः इति वयं जानीमः. शरद् इति पदम् उत्तरपदम् इति कृत्वा आहत्य टच् योजनेन अस्माकं कृते उपशरदम् इति एकमेव रूपं सिद्ध्यति. तत्र समस्तपदम् उपशरदम् अथवा मनस् इति योजयित्वा अन्यत् उदाहरणं वदामि. तत्र सुमनसम्, अधिमनसम् इत्यादीनि पदानि सिद्ध्यन्ति. इत्युक्ते आहत्य शरद् इति पदं, मनस् इत्यादीनि पदानि अत्र शरदादिगणे सन्ति. तत्र टच् समासान्तप्रत्ययः अनेन सूत्रेण विधीयते, अव्ययीभावे शरत् प्रभृतिभ्यः इत्यनेन विधीयते. एतावत् अस्माकं समस्तपदम् उपशरदम् इति भवति, एकमेव रूपम्. अग्रे पठतु महोदय, भवान् वदतु.
शरादिगणः सुबन्त प्रातिपदिकगण भगिनि.
तत्र शरद् अत्र शरद् इति पदम् अस्ति. शरद् इति पदं प्रातिपदिकम् अस्ति. अस्मिन् शरदादिगणे नाम पश्यन्तु, शरदादिगणः इत्युक्ते अस्मिन् गणे शरत् आदयः शब्दाः भवन्ति. आदयः के इत्युक्ते तत्र लिस्ट् अस्ति, आवलिः अस्ति. भगिनी अस्मिन् एव करपत्रे अधोभागे दत्तवती इति भाति, अहं न दृष्टवती. किन्तु भवत्याः प्रश्नः न अवगतः भगिनि मया.
शरादिगणः शरदादिगणः प्रादयगणः अव्ययमेव. शरादिगणः सुबन्त अव्ययमपि सुबन्तमेव. शरादिगणः
अधुना अवगतं मया. इत्युक्ते अत्र अव्ययीभावसमासप्रसङ्गे अपि सहसुपा इति सूत्रस्य प्रसक्तिः अस्ति. इत्युक्ते अत्र बहु दीर्घं सूत्रमस्ति, तत् अस्माकं कृते अधोभागे दत्तमस्ति. तस्मिन् सूत्रे षोडशपदानि सन्ति. तेषु अर्धेषु उपस्थितम् अव्ययपदम् अन्येन समर्थेन सुबन्तपदेन सह समस्येते इति वयं ज्ञातवन्तः. सहसुपा इति सूत्रं समर्थेन सुबन्तपदेन सह समस्येते इति वदति. अत्रापि शरद् इति पदं समर्थं सुबन्तं पदम्. अत्र किमपि अत्र अव्ययपदं किमपि अव्ययपदम् अव्ययपदम् इत्युक्ते किमपि इति न वक्तव्यम्. अत्र सूत्रे इत्युक्ते एकं दीर्घं सूत्रमस्ति, विभक्तिसमीपसमृद्धि इति दीर्घं सूत्रमस्ति. तस्मिन् सूत्रे यानि यानि पदानि सन्ति तानि पदानि स्वीकृत्य तेषु अर्धेषु अव्ययीभावसमासः करणीयः. उत्तरपदं किमपि समर्थं सुबन्तपदं भवितुमर्हति. अत्र तु समर्थं सुबन्तपदं किम् इत्युक्ते शरदादिगणेश गणीय सदस्यः. शरद् इति पदं तस्मिन् गणे एकः सदस्यः.
धन्यवादः भगिनि.
सूर्यकुमारी भगिनी भवती एव पठतु अग्रिमं सूत्रम्.
अनन्तः पुल्लिङ्गशब्दः अथवा अनन्तः स्त्रीलिङ्गशब्दः उत्तरपदे विद्यते चेत् तस्मात् टच् इति समासान्तप्रत्ययः विधीयते अनच्च इति सूत्रेण. यथा राजनीति प्रातिपदिकम् अनन्तः पुल्लिङ्गशब्दः अथवा श्रीलिङ्गशब्दः अपि उत्तरपदे विद्यते चेत् तस्मात् टच् इति समासान्तप्रत्यय विधेयते अनच्च. तदर्थम् अन् योगः आ अना अन्तपदं पुल्लिङ्ग अपि स्त्रीलिङ्ग अपि श्रूयते भगिनि?
श्रूयते, वदतु वदतु.
पुल्लिङ्ग अपि स्त्रीलिङ्ग अपि भवति. तस्मात् टच् इति समासान्तप्रत्यय विधीयते इति सूत्रे यदा राजन् राजन् योगः आ राजन इति प्रातिपदिकम्.
अत्र किञ्चित् वदामि. अत्र अनश्च इति सूत्रमस्ति. अत्र पदविच्छेदं कुर्मः चेत् अनः एकं पदं, च इति अन्यत् पदम्. अनः इत्युक्ते अन् शब्दस्य तत्र अन् शब्दस्य पञ्चम्यन्तं रूपम् अनः. अन् इति पदस्य पञ्चम्यन्तरूपम् अत् इत्यस्य पञ्चम्यन्तरूपम् अतः इव अत्र अन् शब्दस्य पञ्चम्यन्तरूपम् अनः. अनः च इति पदद्वयमस्ति. अत्र अन्नन्तपुंलिङ्गशब्दः अन्नन्तपुं स्त्रीलिङ्गशब्दः इति लिखितमस्ति. इत्युक्ते उत्तरपदम् अन्नन्तशब्दः, पुंलिङ्गं वा भवतु स्त्रीलिङ्गशब्दः वा भवतु, किन्तु नपुंसकलिङ्गपदं न भवितव्यम्. इत्युक्ते नपुंसकलिङ्गपदस्य कृते एकं विशिष्टसूत्रं दत्तमस्ति अग्रे. केवलम् उत्तरपदम् अनन्तपदं भवेत्, पुंलिङ्गपदं वा स्त्रीलिङ्गपदं वा भवेत् चेत् अनश्च सूत्रेण टच् इति समासान्तप्रत्ययः विधीयते. तत्र उदाहरणं दत्तमस्ति. राजन् भगिनी वदतु, राजन् प्रातिपदिकं प्रथमाविभक्त्यन्तं रूपं किं भवति? नकारान्तप्रातिपदिकं वदतु. राजा भवति. अत्र राजन् इति नकारान्तप्रातिपदिकम् अस्ति. किन्तु किञ्चित् पश्यामश्चेत् अस्य सूत्रस्य कार्यं कथं भवति इति परिशीलयामश्चेत् एकं पदं स्वीकुर्मः, उपराजम् इत्युक्ते राज्ञः समीपम्. इत्युक्ते राज्ञः समीपम्, उप इति अव्ययपदं समीपार्धे योजयामः. वयं पूर्वमेव पठितवन्तः उपकृष्णम्, उपवृक्षं वयं दृष्टवन्तः. तथा एव अत्रापि उपराजम् इति पदस्य निर्माणं कर्तुम् इच्छामः. तस्मिन् समये राजन् इति प्रातिपदिकस्य अनन्तरं टच् इति समासान्तप्रत्ययः विधीयते. टच् योजनेन अदन्ताङ्गं सिद्ध्यति. तेन टच् इत्यस्मात् अकारः एव अवशिष्यते इति कृत्वा राजन् योगः अ इति भवति. किन्तु तत्र एकं विशिष्टसूत्रमस्ति, नस्तद्धिते इति सूत्रेण नकारस्य लोपः अपि भवति. तेन राज इति पदं सिद्ध्यति. अत्र उपयोगः राज, नकारस्य लोपः अभवत्, अपि च टच् इत्यस्मात् अकारः अवशिष्यते. अधुना वर्णमेलनं कुर्मः चेत् उपराज इति पदं सिद्ध्यति. तत् पदम् अदन्तपदम् इत्युक्ते ह्रस्वकारान्तपदमस्ति इति कृत्वा अधुना नाव्ययीभावादतोऽन्तपञ्चम्याः इति सूत्रेण अमादेशः भवति. तेन अस्माकं पदम् उपराजम् इति पदं सिद्ध्यति. अत्र उदाहरणार्थं राजन् इति प्रातिपदिकं दत्तवती भगिनी. उत्तमम्. अनन्तरं
भगिनि
वदतु,
अनन्त स्त्रीलिङ्गशब्दः किम्, उदाहरणं किं भगिनि?
अत्र भगिनी अस्मिन्नेव करपत्रे दत्तवती इति भाति, द्रष्टव्यम्. अहं न दृष्टवती.
धन्यवादः.
अत्र अनश्च इति सूत्रेण तादृशं कार्यं भवति. एतावत् टच् इति अत्र नित्यरूपेण भवति इति कृत्वा एकमेव रूपं सिद्ध्यति, तदेव उपराजम् इति पदं सिद्ध्यति. उत्तमम्. अनन्तरं गीताञ्जलि भगिनी भवती पठतु अग्रिमं सूत्रम्. भगिनि अस्ति वा?
भगिनि एकवारं पुनः वदतु. राजन् अन् लोपः भवति.
अत्र तत्र टी संज्ञा इति वदामः. तत्र नस्तद्धिते इति एकं सूत्रमस्ति, तेन सूत्रेण टी संज्ञा लोपः भवति इति कृत्वा तत्र नकारस्य लोपः भवति. तत्र टच् इत्यस्मात् अकारः एव अवशिष्यते. सः अकारस्य योजनेन उपराज इति पदं सिद्ध्यति. अधुना अम् आदेशः भवति, न अव्ययीभावादतोऽन्त्वपञ्चम्याः इत्युक्ते पञ्चमी विभक्त्यां न भवति. किन्तु एतावत् टच् योजनेन अदन्तत्वं सिद्ध्यति. अकारान्तत्वं सिद्ध्यति इति कृत्वा उपराजम् इति पदं सिद्ध्यति. अधुना
राज अकारान्त अपि अस्ति.
भवती न अवगच्छति चेत् प्रक्रियाकाले इतोपि स्पष्टतया अवगन्तुं शक्नोति भवती. अधुना अग्रे सरेम. इत्युक्ते प्रक्रिया भगिनी अधोभागे दत्तवती. प्रक्रियाकाले इतोपि स्पष्टतया भवती अवगन्तुं शक्नोति. अतः गीताञ्जलि भगिनी भवती पठति वा अग्रिमं सूत्रम्?
आं भगिनि, प्रयत्नं करोमि. नपुं सका दन्यतरस्याम् अनन्तः नपुंसकलिङ्गशब्दः उत्तरपदे विद्यते चेत् तस्मात् टच् इति समासान्तप्रत्ययः विकल्पेन विधीयते. नपुंसकादन् यतरस्याम् इति सूत्रेण, यथा चर्मन् इति प्रातिपदिकम्. अनश्च इति सूत्रं केवलं पुल्लिङ्गशब्द उत्तरपद यदि पुंलिङ्ग् अस्ति चेत् वा स्त्रीलिङ्गः अस्ति चेत् वा, किन्तु अस्मिन् सूत्रे नपुं उत्तरपदं यदि नपुंसकलिङ्ग अस्ति चेत् तदनन्तरम् अपि टच् समासान्तप्रत्यय आयाति, किन्तु विकल्पेन रूपेण आयाति. एकम् उदाहरणं दत्तं चर्मन् इत्युक्ते यदि चर्मन् योगः टच् अस्ति चेत् तदनन्तरं चर्मन, तदनन्तरम् अपि आयाति भगिनी.
प्रक्रियायाः प्रसङ्गे अग्रे भगिनी दत्तवती, किन्तु अत्र किं लिखितमस्ति इत्युक्ते नपुंसकाद् अन्यतरस्याम्, अन्यतरस्याम् इत्युक्ते
विकल्पेन.
उत्तमम् उत्तमम्. इत्युक्ते एतावत् सूत्रे एव उक्तमस्ति अन्यतरस्याम् इति पदमस्ति, यत्र कुत्रापि अन्यतरस्यां विभाषा विकल्पेन वा अथवा बहुलम् इत्यादीनि पदानि सूत्रे सन्ति चेत् तत्र विकल्पेन रूपद्वयं भवितुमर्हति इति वयम् अवगन्तुं शक्नुमः. नपुंसकात् इति पदमस्ति, इत्युक्ते पदम् अव्ययीभावसमासयुक्तं पदम्. अत्र पूर्वसूत्रात् कानिचन पदानि अनुवृत्तिरूपेण आयान्ति, तदर्थमेव अत्र सूत्रं पश्यतु. अन्नन्तः नपुंसकलिङ्गशब्दः इत्युक्ते अनस्य सूत्रस्य सूत्रात् पदानि अनुवृत्तिरूपेण अस्मिन् सूत्रे अपि आयान्ति इति कृत्वा अनन्तनपुंसकलिङ्गपदमस्ति चेत् उत्तरपदे अस्ति चेत् तच् विधीयते, किन्तु विकल्पेन विधीयते इति कृत्वा तत्र रूपद्वयं सिद्ध्यति इति विषयः. अत्र चर्मन् इति नकारान्तप्रातिपदिकम् अस्ति. प्रथमाविभक्तिरूपाणि वदतु भगिनि एकवारं चर्मशब्दस्य.
चर्मन् चर्मा न जानामि भगिनि.
चिन्ता मास्तु. अत्र चर्म इति पदं नपुंसकलिङ्गपदमस्ति इति कृत्वा कर्मशब्दवत् रूपाणि भवन्ति.
ओ कर्मन्
वदतु. कर्म कर्मणि
कर्माणि
उत्तमं. चर्म चर्मणि चर्माणि इति रूपाणि भवन्ति, इत्युक्ते नकारान्तप्रातिपदिकम् अस्ति. अपि च अत्र चर्मन् इति पदं प्रातिपदिकम् उत्तरपदे अस्ति चेत् तत्र टच् विधीयते, किन्तु विकल्पेन विधीयते. इत्युक्ते तत्र किं भवति, टच् योजनेन एकं रूपं सिद्ध्यति, टच् न योजयामश्चेत् अन्यत् रूपं सिद्ध्यति. विकल्पेन टच् योजयामः इति कृत्वा तत्र रूपद्वयं कथम् इत्युक्ते यदि टच् योजनेन उपचर्म इति अदन्तं प्रातिपदिकं सिद्ध्यति तदा अमादेशः भवति. अमादेशः भूत्वा एकं रूपम् उपचर्मम् इति एकं रूपम्. अन्यत् रूपं टच् न योजयामश्चेत् तदा अन्यत् रूपं सिद्ध्यति, उपचर्म इति अन्यत् रूपम्. एतावता नपुंसकादन्यतरस्याम् इति सूत्रेण टच् विकल्पेन विधीयते. उदाहरणार्थं चर्मन् इति प्रातिपदिकमस्ति, तत्र अस्माकम् उदाहरणमस्ति उपचर्मम् एकं रूपम्, उपचर्म अन्यत् रूपं, रूपद्वयम् अस्ति. अग्रे पठतु.
नदी पौर्
भगिनी तत्र क्षम्यतां, द्वितीयरूपम् उपचर्म अस्ति, तत्र अकारान्त अस्ति चेत् अम् आदेश भवति खलु?
तत्र टच् न विधीयते भगिनी, तत्र टच् न विधीयते, अपि च नकारस्य लोपः अपि भवति.
ओ अस्तु, अतः अकारान्त.
यत्र यत्र टच् विधीयते तत्र तत्र अदन्तप्रातिपदिकं सिद्ध्यति, तदानीम् एव नाव्ययीभावादतोऽन्त्वपञ्चम्याः इत्यस्य प्रसक्तिः भवति.
किन्तु उपचर्म तत्र अकारान्त अस्ति खलु?
तथा इत्युक्ते तत्र तथा न भवति, तत्र प्रक्रियाकाले इतोपि स्पष्टतया अवगन्तुं शक्नोति भवती. अतः प्रक्रिया अपि भगिनी तत्र स्पष्टतया लिखितवती अस्मिन्नेव करपत्रे, भिन्नानि उदाहरणानि स्वीकृत्य. गीताञ्जलि भगिनी पठतु. अपि च अत्र एकं वक्तव्यं भगिनी उक्तवती, तदर्थम् अहं स्मारयामि. अत्र भगिनी किम् उक्तवती, फलितार्थः कः इति उक्तवती. भगिनी वदतु, गीताञ्जलि भगिनी, अत्र अनश्च अपि च नपुंसकादन्यतरस्याम् अनयोः प्रसङ्गे भगिनी एकं वाक्यम् उक्तवती, फलितार्थः इत्युक्ते तत्र
आहत्य किं किम् आयाति. यदि पुंलिङ्ग अपि च स्त्रीलिङ्ग उत्तरपदम् अन्ते अस्ति चेत् तदनन्तरम् एकमेव रूपं भवति, किन्तु यदि नपुंसकलिङ्गम् उत्तरपदम् अन् अन्ते अस्ति चेत् विकल्पेन रूपद्वयम् आयाति इति.
तत्तु एकः विषयः. अपि च भगिनी किम् उक्तवती इत्युक्ते, सर्वत्र अनश्च इति सूत्रमेव कार्यं करोति चेत् नपुंसकादन्यतरस्याम् इत्यस्य प्रसक्तिः कुत्रापि भवितुं न अर्हति. तदर्थमेव अनश्च इति सूत्रं सामान्यसूत्रं, नपुंसकादन्यतरस्याम् इति सूत्रं विशिष्टसूत्रम् इत्युक्ते अपवादत्वेन, इत्युक्ते निरवकाशत्वम् एव अपवादस्य बलम् इति व्याकरणे वैयाकरणाः वदन्ति इति कृत्वा, नपुंसकादन्यतरस्याम् इति सूत्रं नपुंसकलिङ्गे शब्देषु कार्यं न करोति चेत् तस्य प्रसक्तिः अन्यत्र कुत्रापि भवितुं न अर्हति इति कृत्वा, नपुंसकादन्यतरस्याम् इति सूत्रं विशिष्टसूत्रम्, अनश्च इति सामान्यसूत्रमस्ति. अपि च वयं आद्गुणः इत्यस्य प्रसक्ते वयं पठितवन्तः सन्धिवर्गे. किम् इत्युक्ते, यद्यपि आद्गुणः अचीपरे इति लिखितमस्ति, किन्तु तत्र फलितार्थः तु इकीपरे इति वयं पठितवन्तः. तथा एव अत्रापि फलितार्थः तु अनश्च इति सूत्रम् अनन्तपुंलिङ्गशब्देषु, अनन्तस्त्रीलिङ्गशब्देषु एव कार्यं करोति. विशेषतया नपुंसकादन्यतरस्यां केवलं नपुंसकलिङ्गशब्दानां कृते एव कार्यं करोति, अपवादबलेन इति भगिनी उक्तवती. तत्र इतोपि चतुर्थं सूत्रं पठतु.
आं भगिनि, नदी पौर्णमासस्य ग्रहायणीभ्यः अव्ययीभावसमासस्य उत्तरपदे नदी पौर्णमासी आग्रहायणी एतेषु कश्चन शब्दः उत्तरपदे विद्यते चेत् तस्मात् विकल्पेन टच् इति समासान्तप्रत्ययः विधीयते. नदी पौर्णमास्याग्रहायणीभ्यः इति सूत्रेण इति एकम् अन्यसूत्रम् अस्ति. विषय त्रयम् अस्ति अत्र, नदी पौर्णमासी अपि च आग्रहायणी. एतेषु त्रीणि शब्देषु एव यदि उत्तर पदे अस्ति चेत् तदनन्तरम् अपि टच् विकल्पेन आयाति समासान्तप्रत्ययः. नदी पौर्णमास्याग्रहायणीभ्य इति सूत्रेण
वदति. इत्युक्ते अत्र सूत्रं नदी पौर्णमास्याग्रहायणीभ्यः, अत्र नदी एकं पदं, पौर्णमासी अन्यत् पदम्, आग्रहायणी इति तृतीयं पदं. तत्र शरदादिगणे गणः अस्ति, तस्मिन् केचन शब्दाः सन्ति. किन्तु अत्र बहवः शब्दाः न सन्ति, केवलं त्रीणि पदानि एव, केवलं त्रयाणां पदानां कृते एव एकं सूत्रं स्थापितं व्याकरणे. नदी, पौर्णमासी, आग्रहायणी, एतेषां त्रयाणां शब्दानां एतेषु त्रिषु शब्देषु अन्यतमं पदम् उत्तरपदं भवति चेत् टच् विधीयते अनेन सूत्रेण, नदीपौर्णमास्याग्रहायणीभ्यः सूत्रेण, किन्तु विकल्पेन भवति, तेन रूपद्वयं सिध्यति. अत्र नदीशब्दस्य कृते तत्र टच् योजनेन उपनदम् इति पदं सिध्यति, उपनदी इति अन्यत् रूपं, टच् योजनेन उपनदं, टच् न योजयामश्चेत् उपनदी, ह्रस्व इकारान् इकारः अन्ते श्रूयते. तथा एव पौर्णमासी अस्ति चेत् उपपौर्णमासम् एकं रूपम्, उपपौर्णमासि ह्रस्वरूपं, तथा रूपद्वयं सिध्यति. आग्रहायणी इति पदम् उत्तरपदमस्ति चेत् किं भवति, उपाग्रहायणं किं भवति, अहं न दृष्टवती, उपाग्रहायणम् इति भवति एकं रूपम्, अन्यत् रूपम् उपाग्रहायणि इति भवति. एतावत् टच् योजनेन अदन्तत्वं सिध्यति, तदनन्तरम् अमादेशः भवति इति तु सर्वदा स्मर्तव्यम् अनेन सूत्रेण. किन्तु अस्मिन् सूत्रे केवलं त्रीणि पदानि स्थापितानि. अनेन सूत्रेण टच् समासान्तप्रत्ययः विधीयते विकल्पेन. उत्तमम्. अन्तिमं सूत्रमपि पठतु.
आं भगिनि, झयः इत्यन्तशब्दः उत्तरपदे चेत् तस्मात् टच् इति समासान्तप्रत्ययः विकल्पेन विधीयते झयः इति सूत्रेण. यथा समिद् इति प्रातिपदिकं, झयन्त इत्युक्ते झय तु एकं प्रत्याहारः अस्ति न भगिनि अत्र?
कृपया वदतु, झै प्रत्याहारे के के वर्णाः सन्ति?
झै तु सर्वे वर्गीय वर्णाः सन्ति भगिनि. अनुनासिक विहाय.
उत्तमम्, उत्तमम्. इत्युक्ते अनुनासिकव्यञ्जनानि विहाय अन्यानि सर्व चत्वारि व्यञ्जनानि प्रत्येकस्मिन् वर्गे, तत्र झै प्रत्याहारे प्रथमचत्वारि व्यञ्जनानि अनुनासिकव्यञ्जनानि त्यक्त्वा, कवर्गे कख गघ च छ ज झ ठ ढ थ ध फ भ इति एते वर्णाः झै प्रत्याहारे सन्ति. किन्तु अत्र अस्य प्रसक्तिः किमर्थं वदतु.
अत्र तु इति दत्तं, यदि झयन्तशब्दः इत्युक्ते यदि उत्तरपदं झय अन्ते अस्ति चेत् तदनन्तरम् अपि टच् प्रत्ययः समासान्तप्रत्ययः अस्ति किन्तु विकल्पेन अपि भवति, इत्युक्ते रूपद्वयं भवितुम् अर्हति.
इत्युक्ते अत्र समिद् इति पदस्य अन्तिमवर्णः कः?
धकार. इत्युक्ते तु झय प्रत्याहार प्रत्याहारस्य वर्णः अस्ति, इत्युक्ते समिद् योगः टच् यदि विकल्पेन रूपम् अस्ति, योगः अम् इत्युक्ते समिधम्.
उत्तमम्. अत्र उप योजयतु, उप इति अव्ययपदमपि योजयतु.
हा हा, उपधम् उपसमिधम्.
उत्तमम्. उपसमिधम् इत्युक्ते समिधः समीपम्, समिधः समीपम् इति उपसमिधम्. अन्यत् रूपं किं भवति टच् नास्ति चेत्?
टच् नास्ति चेत् तु
उपसमिध् भवति, उपसमिध् तथा भवति. तथा एव अन्यत् पदं मरुत् इति पदमस्ति चेत् मरुत् इत्यस्मिन् पदस्य अन्ते तकारः अस्ति, तकारः अपि झै वर्णः इति कृत्वा उपमरुतम् उपमरुत् इति रूपद्वयं, तथा एव वाक् इति पदम् इत्युक्ते मरुतः समीपम् इति वदामश्चेत् उपमरुतम् इति भवति टच् योजनेन, टच् न योजयामश्चेत् उपमरुत् इति भवति, तथा एव वाचः समीपं वाक्शब्दः चकारान्तपदमस्ति, तत्रापि वाच् इत्यस्मिन् चकारः जयन्तवर्णः अस्ति इति कृत्वा उपवाचम् एकं रूपम्, उपवाक् इति अन्यत् रूपम्, इत्युक्ते आहत्य बहूनि हलन्तपदानि अत्र भवितुमर्हन्ति, इत्युक्ते उत्तरपदं हलन्तपदेषु किञ्चित् अन्यतमं पदमस्ति चेत् तदा टच् समासान्तप्रत्ययः विकल्पेन जयः सूत्रेण विधीयते इति विषयः अत्र.
भगिनि इदानीं दर्शनं श्रूयते वा? इदानीं श्रूयते वा?
श्रूयते.
वदतु. नैव, तदेव प्रष्टुम् इच्छामि.
धन्यवादः गीताञ्जलि भगिनी. दर्शना भगिनी भवती पठतु.
एक प्रश्न भगिनी, यदि उपमरुतम् उपमरुत् द्वयोः अर्थः तु समान एव भवति न भगिनी?
उत्तमं, द्वयोः अर्थः तु समानः, किन्तु काव्येषु शास्त्रेषु तेषाम् इच्छानुसारम् इत्युक्ते कवीनाम् इच्छानुसारम् इत्युक्ते तत्र छन्दानुसारं छन्दः अस्ति खलु काव्येषु श्लोकेषु, तदनुसृत्य कीदृशं प्रयोग अनयोः द्वयोः कस्य पदस्य प्रयोगः भवति चेत् तत्र समीचीनं श्लोकः समीचीनः श्लोकः सिद्ध्यति, एतत् सर्वं ते चिन्तयन्ति, चिन्तयित्वा अनयोः द्वयोः एकं रूपं स्वीकृत्य तस्य प्रयोगं कुर्वन्ति.
अस्तु, एकम् अन्य प्रश्न भगिनी, झय यदि अन्ते अस्ति चेत् अत्र तु किमपि लिङ्गं लिङ्गविषये न दत्तम् इत्युक्ते लिङ्ग तु अव्ययीभावसमासः तु नपुंसकलिङ्ग एव सर्वे भवन्ति न भगिनि?
अव्ययीभावसमासयुक्तपदम् अव्ययं भवति, अपि च नपुंसकलिङ्गपदमपि भवति तत्र अन्येषां सूत्राणां द्वारा.
धन्यवादः.
उत्तमम्. अत्र दर्शना भगिनी भवती पठतु अग्रिमपरिच्छेदं विभाषा.
अस्तु अस्तु, श्रूयते खलु? विभाषा द्वितीयपादस्य प्रथमपादे एकादशं सूत्रम्. एतत् अधिकारसूत्रमस्ति. एतस्य सूत्रस्य अधिकारः अपपरिबहिरञ्चवः पञ्चम्या, अपपरिबहिरञ्चवः पञ्चम्या इति सूत्रे सूत्रात् आरभ्य कडाराः कर्मधारये इति सूत्रपर्यन्तम् अस्ति. एतस्मात् सूत्रात् समासविधिः विकल्पेन भवति. एषा विभाषा महाविभाषा इति उच्यते, यतोहि एतेन सूत्रेण यः विकल्प अधिकारः कृतः सः बृहद् अस्ति. एतस्य प्रसक्तिः सम्पूर्णसमासप्रकरणे अस्ति. विभाषा प्रथमान्तम् एकपदमिदं सूत्रं स्वयं सम्पूर्णम्. तर्हि विभाषा इति सूत्रम् अधिकारसूत्रम् अस्ति. तस्य अधिकारः द्वितीयपादस्य प्रथमपादे द्वादशसूत्रात् आरभ्य द्वितीय अध्यायस्य द्वितीयपादे अष्टात्रिंशत्तमं सूत्रं पर्यन्तम् अस्ति. आरम्भम् अस्ति अपपरिबहिरञ्चवः पञ्चम्या, अपि तु अन्तमं सूत्रमस्ति कडाराः कर्मधारये इति. अत्र वयं एतत् सूत्रं यदि स्वीकृत्य समासस्य क्रिया कर्तुं कर्तुं प्रयत्नं कुर्मः चेत् तर्हि विधि विकल्पेन अस्ति. किं विकल्पेन? तत् अहं न मया न ज्ञातं. विकल्पेन भवति इति
विकल्पेन भवति इत्युक्ते अत्र पश्यतु भगिनि, अत्र सूत्रसङ्ख्या एकादशं सूत्रम् अस्ति. एतस्मात् सूत्रात् पूर्वम् अन्यानि सूत्राणि सन्ति अव्ययीभावाधिकारे. तत्र तेषां सूत्राणां द्वारा यत् कार्यं भवति तत् कार्यं नित्यरूपेण भवति, किन्तु अस्मात् सूत्रात् आरभ्य समासविधिः विकल्पेन भवति इत्युक्ते तत्र व्यस्तरूपेणापि भवितुमर्हति.
सर्वेषां
इत्युक्ते तत्र अग्रिमे परिच्छेदे इतोपि स्पष्टतया भगिनी किञ्चित् लिखितवती. यद्यपि विभाषा इति सूत्रात् आरभ्य समासविधिः विकल्पेन भवति, तथापि कुत्रचित् अपवादाः सन्ति इति कृत्वा तत्रापि विभाषाधिकारे अपि कुत्रचित् समासविधिः नित्यरूपेण भवति इति अग्रिमे परिच्छेदे लिखितवती. अस्य नाम विभाषा इत्यस्य नाम महाविभाषा. किमर्थम्?
यतोहि एतेन सूत्रेण यः विकल्पाधिकारः कृतः सः बृहद् अस्ति. यानि सूत्राणि अत्र गमिष्यन्ति अथवा सन्ति ते बृहद् अस्ति, दीर्घ किं वदनीयं, बहु सूत्राणि सन्ति. तदर्थं महाविभाषा इति उक्तम्
उक्तमस्ति. उत्तमम् इत्युक्ते अत्र अस्य सूत्र इदं सूत्रम् अधिकारसूत्रम्, अपि च अस्य सूत्रस्य विकल्पाधिकारः बृहत् अस्ति. तत्र बृहत् इति पदं त्रिषु लिङ्गेषु भवति. किञ्चित् वदति वा त्रिषु लिङ्गेषु रूपाणि किं भवन्ति बृहत् शब्दस्य रूपाणि?
बृहत् अहं न जानामि.
पुल्लिङ्गे बृहती, स्त्रीलिङ्गे बृहत्, नपुंसकलिङ्गे.
उत्तमम् बृहत्. सः अधिकारः बृहान् अस्ति इति अपि साधु एव वाक्यं. यदि विशेषणविशेषभावरूपेण वक्तुम् इच्छामश्चेत् विकल्पाधिकारः बृहान् इति वक्तुं शक्यते. किन्तु अत्र विभाषा इत्यस्य प्रसक्तिः सम्पूर्णप्रकरणे, समासप्रकरणे अस्ति. एकपदात्मकम् इदं सूत्रम्, एकपदमेव अस्मिन् सूत्रे दत्तमस्ति. उत्तमं भगिनि. अधुना सुमन् भगिनि भवती पठतु अग्रिमपरिच्छेदम्.
अस्तु भगिनि. विभाषा इति सूत्रस्य अधिकारे यानि सूत्राणि पठितानि तानि सर्वाणि विकल्पेन विधीयन्ते इति अस्माभिः पूर्वम् एव ज्ञातम्. समासः विकल्पेन विधीयते इति सामान्यनियमः, परन्तु कुत्रचित् विभाषा इत्यस्य अधिकारः चेदपि समासः नित्यरूपेण विधीयते. यत्र समासः नित्यः तत्र विभाषा इति सूत्रस्य प्रसक्तिः न भवति. विभाषा इत्यस्मात् सूत्रात् प्राक् यानि समासविधीयकसूत्राणि सन्ति तत्र सर्वत्र समासः नित्यः भवति. अव्ययीभाव अधिकारे इत्यस्मात् सूत्रात् आरभ्य इत्युक्ते द्वितीय अध्याये प्रथमभागे दशम सूत्रस्य सूत्रात् आरभ्य क्षम्यतां द्वितीय अध्याये प्रथमभागे पञ्चमात् आरभ्य दशमसूत्रपर्यन्तं षट् सूत्राणि सन्ति यत्र विभाषा इत्यस्य अधिकारः नास्ति. अतः एव तत्र सर्वत्र समासः विकल्पेन न भवति अपि तु नित्यरूपेण भवति. वयं प्रायः द्वितीय नो चेत् तृतीयसप्ताहे एव दृष्टवन्तः यत्र समास विधायक विग्रहवाक्यं स्वपदं नास्ति तत्र नित्यसमास इति. अतः इदानीं वयं पुनः पठामः. विभाषा सूत्रं तु एकादशसूत्रम् अस्ति. तस्मात् पर यानि सूत्राणि सन्ति, यानि समासविधायकसूत्राणि सन्ति, तेषां सूत्रं भव विधीयते चेत् तत् ते नित्यसमास भवन्ति इति.
आहत्य उत्तमम्. इत्युक्ते एतस्मात् सूत्रात् पूर्वं तत्र षट् सूत्राणि सन्ति, इत्युक्ते पञ्चमसूत्रात् आरभ्य दशमसूत्रपर्यन्तं तत्र विभाषा इत्यस्य अधिकारः नास्ति इति कृत्वा तत्र नित्यरूपेण समासविधानं भवति, तदनन्तरं तत्र विकल्पेन भवति इति अस्माभिः पूर्वमेव पठितम् एतत् सर्वम्. उत्तमम् उत्तमं भगिनी, धन्यवादः. सरला भगिनी, भवती पठतु अग्रे.
भगिनि, अव्ययीभावसमासस्य प्रक्रियायाः प्रसङ्गे एतानि सूत्राणि सम्यक्तया ज्ञातव्यानि भवन्ति, यतोहि एतेषां प्रयोगः मुहुर्मुहुः वारं वारं क्रियते. अव्ययीभावसमासस्य प्रक्रिया भवति, तस् प्रक्रियायां ये यानि सूत्राणि आगच्छन्ति तेषां अत्र विवरणं दत्तमस्ति. तस् अस्माभिः सम्यक् पठत्यम् इति. अव्ययात् सुप्पः, अव्ययात् ताप् सुप्पः, पदच्छेदमिति अव्ययात् आप् सुप्पः इति. अव्ययात् परस्य आप् प्रत्ययाना सुप् प्रत्ययाना चल्लुक् भवति. आबन्ता आबन्तरूपाणि च स्त्रीलिङ्गरूपाणि भवन्ति इति. लुक् इत्यस्मात् सूत्रात् लुक् इत्यस्य अनुवृत्तिः, अनुवृत्तिसहितसूत्रम् अव्ययात् आप् सुपः लुक्. अव्ययात् परस्य अव्ययप्रयत् भवति समस्तपदं यस्य अव्ययसंज्ञा आगच्छति तस्य पर यदि आप् प्रत्ययः अस्ति यथा चाप् डाप् छाप् इति प्रत्ययाः सन्ति, सुप् प्रत्ययाः सन्ति, तेषां लुक् भवति. आबन्तरूपाणि इति वयं जानीमः स्त्रीलिङ्गरूपाणि भवन्ति, तेषां लुक् भवति. सो अनुवृत्तिसहितसूत्रमस्ति अव्ययात् पञ्चम्या विभक्ति आप् इति कार्यं तस्य परे भवति, पर भवति. आप् इति प्रथमा विभक्ति भवति. सुपः लुक् इति अपि प्रथमा विभक्ति अस्ति. सो आप् सुपः ते प्रत्ययाः तेषां लुक् भवति, लोक् भवति.
उत्तमम् उत्तमं भगिनि. अत्र तु अस्माकं प्रसक्तिः, अस्माकम् अवधानं तु केवलं सुप्रत्ययानां प्रसङ्गे एव, आबन्तानां प्रसङ्गे आबन्तानां प्रसङ्गे नास्ति, केवलं सुप्रत्ययानां लुक् भवति इति अस्माकम् अत्र अव्ययीभावसमासप्रसङ्गे. लुक् इति पदं लुक् इति सूत्रमस्ति, अस्तु, लुक् इति सूत्रात् लुक् इति पदम् अनुवृत्तिरूपेण आयाति. अव्ययपदात् सुपः लोपः भवति. किन्तु वयं पूर्वं किं पठितवन्तः, स्वरादिनिपातम् अव्ययम् इति सूत्रेण अव्ययसंज्ञा भवति, किन्तु अव्ययात् आप् सुपः सूत्रेण सुपः लुक् भवति. एतत् बहुमुख्यसूत्रम्. उपरि उपरितने वाक्ये किं लिखितमस्ति, एतानि सूत्राणि सम्यक्तया ज्ञातव्यानि. किमर्थम् इत्युक्ते एतेषां प्रयोगः वारं वारं क्रियते. इत्युक्ते अत्र पञ्चसूत्राणि दत्तानि, अव्ययादाप्सुपः, ह्रस्वोनुपुंसके प्रातिपदिकस्य, अनश्च अचश्च, क्षम्यताम्, अचश्च इत्यस्य प्रसक्तिः नास्ति, किञ्चित् केवलम् अनुवृत्ति एव. नाव्ययीभावादोत्वपञ्चम्याः तृतीया सप्तम्योर्बहुलम्. इत्युक्ते एतानि सूत्राणि प्रक्रियाकाले बहुवारम् आयान्ति. अत्र मुहुस् इति मुहुर् इति पदं सकारान्तपदं, तत्र मुहुस् इति सकारान्तपदं तेन अन्ते खरवसानयोर्विसर्जनीयः इत्यनेन तत्र सकारस्य स्थाने आरम्भे रेपः भवति, तदनन्तरं विसर्गः भवति. मुहुर्मुहुः इति वारं वारम् इति अपि च सम्यक् इति पदम् अपि न अव्ययमेव अहं दृष्टवती, अतः वदामि. सम्यक् इत्युक्ते अर्धेन सह सङ्गच्छते इति अर्थः. अर्धेन सह सङ्गच्छते इति अर्थः सम्यक् इत्युक्ते. सम्यक् अव्ययपदम् अपि तु चकारान्तपदं. वयं जानीमः तत्र एकं सूत्रमस्ति, अहं चिन्तयामि चोः कुः इति सूत्रेण तत्र चकारस् अन्ते स्थितस्य चकारस्य स्थाने ककारः आयाति, तेन सम्यक् इति रूपम् आयाति. अस्तु, अत्र तु अव्ययात् आप् सुपः सूत्रेण सुपः लुक् भवति. अग्रिमसूत्रमपि पठतु.
अव्ययात् क्षम्यताम्, अव्ययात् ह्रस्वो नपुंसके प्रातिपदिकस्य प्रथमदश द्वितीयपादे सप्तचत्वारिंशत् सूत्रं नपुंसकलिङ्गे अजन्तस्य प्रातिपदिकस्य ह्रस्वं स्यात्. ह्रस्वः प्रथमान्तं, नपुंसके सप्तम्यन्तं, प्रातिपदिकस्य षष्ठ्यन्तं, त्रिपदमदं सूत्रम् अचश्च इत्यनेन अचः एव हस्तम् अलोच्यस्य इत्यनेन अन्तिमवर्णस्य एव हस्तं न तु प्रातिपदकस्य. अनुमति सहितं नसुपुक् नपुंसकलिङ्गे अचः प्रातिपदिकस्य हस्वात्. ह्रस्वः नपुंसकलिङ्गे प्रातिपदिकस्य इत्युक्ते नपुंसकलिङ्गे यत् अजन्तपदं प्रातिपदिकम् अस्ति तस्य प्रातिपदिकस्य अन्ते अच् स्वर अस्ति, अति दीर्घ स्वर अस्ति, तस्य ह्रस्वः भवति इति वदति. दीर्घ न वदति किन्तु ह्रस्वः भवति, ह्रस्वः विहाय कोऽपि दीर्घप्रकारि स्वर भवेत्. अस्माकं प्रति ह्रस्व दीर्घस्वर अपि सामान्यतया आगच्छति. अस्य सूत्रस्य प्रसक्तिः भवति ह्रस्व नपुंसके प्रातिपदिकस्य. नपुंसकलिङ्गे इति षष्ठीसप्तमी अस्ति, नपुंसकलिङ्गे सप्तमी भवति. अचः अचः इति भवति षष्ठीविभक्ति, तस्य कार्यं तत्र भवति, स्थाने अस्ति. प्रातिपदिकस्य अपि प्रातिपदिकस्य अचः अन्तं अस्ति, तस्य ह्रस्व इति प्रथमायां भक्ति भवति, ह्रस्वकार्यं भवति, तत्र ह्रस्वतमम् इति.
उत्तमम्. इत्युक्ते अत्र ह्रस्वो इति इत्युक्ते ह्रस्वः नपुंसके नपुंसकलिङ्गे प्रातिपदिकस्य प्रातिपदिकस्य ह्रस्वत्वं भवति. किन्तु सूत्रे स्पष्टतया न उक्तमस्ति कस्य ह्रस्वत्वं भवति इति न उक्तमस्ति इति कृत्वा अचश्च इति सूत्रात् अचः इति पदस्य अनुवृत्तिः भवति. अचः इति पदम् अनुवृत्तिरूपेण आयाति. अचः ह्रस्वत्वम् इति अत्र. अपि च अलोन्त्यस्य इत्यस्य परिभाषासूत्रस्य आवश्यकता अपि अस्ति. उत्तमं भगिनि. अनन्तरं श्रीराम महोदय, भवान् वदतु अत्र अलोन्त्यस्य प्रसक्तिः कथमस्ति अस्मिन् सूत्रे. महोदय वदति वा? श्रीराम महोदय अस्ति वा? न श्रूयते महोदय. अधुना श्रूयते. वदतु. अलोन्त्यस्य इति सूत्रं परिभाषासूत्रं नास्ति चेत् किं भवति अत्र?
सूत्रं किं वदति तत्र? ह्रस्वं भवति इति वदति. यदा अनौन्तस्य इति सूत्रं न प्रवर्तते तदा अन्तिमवर्णस्य न भवति तु ये स्वराः सन्ति दीर्घस्वराः सन्ति प्रातिपदिके तेषामपि ह्रस्वत्वं भवितुम् अर्हति. अत्र कुत्र भवति ह्रस्वत्वम् इति संशयं संशयः अस्ति तदा अलोहन्तस्य तस्य निवारणं करोति अन्तिमवर्णस्य एव ह्रस्वत्वं भवति इति.
उत्तमम्. इत्युक्ते न तु सम्पूर्णप्रातिपदिकस्य केवलम् अन्तिमवर्णस्य ह्रस्वत्वं भवतु इति अत्र अलोन्त्यस्य वदति. अचश्च इत्यस्य प्रसक्तिः अपि अस्ति. पठतु महोदय. अचश्च
अजश्च यत्र यत्र ह्रस्वः दीर्घः कृतः च विधीयन्ते तत्र तत्र अचः इति षष्ट्यन्तं पदम् आगत्य उपस्थितं भवति. परिभाषासूत्रम् अचः षष्ट्यन्तं च अव्ययपदं द्विपदमिदं सूत्रं भूकालो झस्वदीर्घकृतः इत्यस्मात् अच् ह्रस्वदीर्घकृतः इत्यनयोः अनुवृत्तिः. तत्र विभक्तिपरिणामं परिमाणेन परिणामेन तृतीयान्तं भवति. ह्रस्वदीर्घप्लुतैः अनुवृत्तिसहितसूत्रं ह्रस्वदीर्घप्लुतैः अचः च अच्. अत्र यत्र यत्र ह्रस्वदीर्घप्लुतः इति उक्तमस्ति सूत्रेषु यत्र दीर्घः ह्रस्वः प्लुतः इति इति पदानि उल्लेखितानि तत्र तत्र अचः इति षष्ट्यन्तं पदं स्वीकर्तव्यम्. किमर्थम् इत्युक्ते अच् इत्युक्ते स्वराणाम् एव ह्रस्वदीर्घप्लुतसंज्ञा विधीयते ऊकाणो ह्रस्वदीर्घप्लुत इति सूत्रेण, न तु व्यञ्जनानाम्. अतः अचः इत्युक्ते स्वराणाम् एव ह्रस्वदीर्घप्लुत संज्ञाः. तत्र विभक्तिपरिमाणं परिणामं कृत्वा तत्र अचश्च इति सूत्रे ह्रस्वदीर्घप्लुतैः इति पदम् आयाति. ह्रस्वदीर्घप्लुतैः अचः च अच् तत्र अवगमनं सम्यक् नास्ति. ह्रस्वदीर्घप्लुतैः अचः तत्र षष्ट्यन्तम्
अच् अच् इति प्रथमान्तम् इत्युक्ते ह्रस्वदीर्घ वदतु
न अवगच्छामि.
तदेव अत्र दीर्घ अच् वर्णः अस्ति चेत् तस्य ह्रस्वत्वं भवति इति विषयः. अत्र अचः इति षष्ट्यन्तं पदम्, अच् इति प्रथमान्तं पदम्. विभक्तिपरिणामं कृत्वा तृतीयान्तं भवति इति तदर्थमेव तत्र ह्रस्वदीर्घप्लुतैः इति लिखितमस्ति. इत्युक्ते एतावत् अस्माकं अवगमनं किम् इत्युक्ते तत्र यत्र यत्र सूत्रेषु ह्रस्वः दीर्घः प्लुतः इत्यादीनि पदानि सन्ति चेत् तत्र अचः इति पदम् आगत्य तिष्ठति. इत्युक्ते अच् वर्णस्य इति एव स्वीकर्तव्यं तत्र. एतत् परिभाषासूत्रम् अस्मात् सूत्रात् अच् इति पद अचः इति पदस्य अनुवृत्तिः ह्रस्वोनुपुंसके प्रातिपदिकस्य इत्यस्मिन् सूत्रे अचः इति पदस्य अनुवृत्तिः आयाति. तावदेव अत्र अत्र सूत्रमस्ति ऊकालो ह्रस्वदीर्घप्लुतः. तत्र पदविच्छेदं कुर्मः चेत् तत्र झस्त्व इति तत्र अस्ति अच् इति पदम्. ऊकालः अच् तत्र अच् ह्रस्व दीर्घप्लुतः तत्र पदविच्छेदं कुर्मः चेत् अच् इति पदम् अस्ति तत्र. दीर्घ ह्रस्वदीर्घप्लुतः इत्यनयोः अनुवृत्तिः अस्तु. उत्तमम्. अग्रिमं सूत्रं पठतु.
नव्यभावात् अतोम्यपञ्च अव्ययीभावात् अतोम्यपञ्चम्याः अदन्तात् अव्ययीभावात् परे सुप् प्रत्ययस्य लुक् न भवति. अपि च पञ्चमी विभक्तिं विहाय अन्यासु विभक्तिषु सुप् प्रत्ययस्य स्थाने अम्मादेशः विधीयते. अस्मिन् सूत्रे निषेधः इति भागः अपि अस्ति येन सुपः लुक् निषिध्यते. विधिः इति भागः अपि अस्ति येन अम्मादेशः विधीयते परन्तु पञ्चमी विहाय न अव्ययपदम् अविभावात् पञ्चम्यन्तम् अतः पञ्चम्यन्तम् अम् प्रथमान्तम् तु अव्ययपदम् अपञ्चम्याः षष्ट्यन्तम् अनेकपदम् इदं सूत्रम् अव्ययीभावात् अप्सुपः इत्यस्मात् सूत्रात् सुपः इत्यस्य अनुवृत्तिः न्यक्षत्र्यार्षन्तो यूनि लुक् ञोः इत्यस्मात् सूत्रात् लुक् इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रम् अव्ययीभावात् अतः तु न सुपः लुक् अपञ्चम्याः अम् अत्र अवि न अव्ययीभावात् अतोम्यपञ्चम्याः अतोम्यपञ्चम्याः अत्र पदविच्छेदनं कुर्मश्चेत् न तदनन्तरम् अव्ययीभावात् अतः अम् तु अपञ्चम्याः इति भवति न अव्ययीभावात् इत्युक्ते अदन्तात् अव्ययीभावः अत्र अदन्तात् अव्ययीभावात् पदे सुप् प्रत्ययः लुक् न भवति लुक् इति अनुवृत्तिरूपेण आयाति तत्र भिन्नसूत्रमस्ति ञञ्छत्र्यार् इति
तत्र सूत्रमस्ति ञक्षत्रियार्षणितः यूनि लुगणिन्योः अत्र लुगणिन्योः इति तस्मिन् तत्र लुगणिन्योः तत्र लुक् अस्ति
लुक् लुक् इति अस्ति तत्र झत्वं कारणे लुग् इति
लुग् भवति
लुग् इति अस्ति अत्र लुक् इत्येव स्वीकर्तव्यं लुक् न भवति इदानीम् अस्मिन् सूत्रे किं वदति अदन्तात् अव्ययीभावात् सुप्रत्ययस्य लुक् न भवति इति न भवति चेत् अपि किं भवति तत्र अम् आदेशः भवति इति अपि अस्मिन् सूत्रे उक्तमस्ति अस्मिन् सूत्रे निषेधम् अपि अस्ति लुग् निषेधः अस्ति विधिः अपि अस्ति विधिः एव अम् आदेशः अमादेश एव विधिः निषेधः लुग् इत्यस्य निषेधः अपि च पञ्चमी किमर्थम् अपञ्चम्याः इति उक्तमस्ति चेत् पञ्चमीविभक्तौ एतत् कार्यं न भवति पञ्चमीविभक्तिविहाय अन्यासु विभक्तिषु सुप्रत्ययस्थाने अमादेशः विधीयते अमादेशः कुत्र भवति पञ्चमी विहाय अन्यत्र अन्यासु विभक्तिषु तत्र अमादेशः भवति लुक् भूत्वा अनन्तरं लुक् न भवति अमादेशः भवति इत्यर्थः
उत्तमं महोदय सम्यक् रीत्या उक्तवान् अत्र इदं सूत्रं बहु मुख्यसूत्रम् अस्मिन् सूत्रे भागद्वयम् अस्ति एकः भागः अस्ति सुपः लुक् निषेधकार्यं सुपः लुक् भवति अन्यत् कार्यमस्ति अमादेशः इत्युक्ते लुक् निषेधः अपि च विधिः अपि अस्ति किन्तु अस्य प्रसक्तिः अदन्तात् अव्ययीभावात् इति लिखितमस्ति इत्युक्ते अदन्त अव्ययीभावप्रसङ्गे एव अस्य सूत्रस्य प्रसक्तिः अस्ति भवता सम्यक्तया प्रतिपादितं महोदय अत्र प्रथमभागः सुप्रत्ययस्य लोपः न भवति अपि च अमादेशः भवति किन्तु पञ्चमीविभक्त्यां न भवति पञ्चमीविभक्तिं विहाय त्यक्त्वा इति अस्य सूत्रस्य प्रसक्तिः अस्ति बहुमुख्यसूत्रम् इदं सूत्रं धन्यवादः महोदय अनन्तरं सरस्वती भगिनी भवती पठतु अग्रिमं सूत्रम्
आं भगिनि तृतीया सप्तम्योर्बहुलं द्वितीय अध्याये चतुर्थपादे चतुश्शीति तमसूत्रमस्ति अदन्तात् अव्ययीभावात् परे तृतीया सप्तम्योः च स्थाने बहुलम् अमादेशः भवति अत्र बहुलम् इति शब्दस्य प्रयोगेन कुत्रचित् विकल्पेन अम् आदेशः भवति, कुत्रचित् अम् आदेशः नित्यः भवति। कुत्र विकल्पेन कुत्र नित्यः इति निर्णयः प्रयोगं दृष्ट्वा करणीयः। सामान्यतया विकल्पेन इति स्वीकर्तुं शक्यते। यदि विकल्पार्थः इष्टः तर्हि विकल्पः अथवा वा इति शब्दस्य अथवा वा इति शब्दस्य प्रयोगः भवति, परन्तु अत्र बहुलम् इत्यनेन विशिष्टार्थः बुध्यते। तृतीया च सप्तमी च तयोः इतरेतरयोगद्वन्द्वः तृतीया सप्तम्योः तयोः, तृतीया सप्तम्योः षष्ट्यन्तं, बहुलं प्रथमान्तं, द्विपदं सूत्रम्। अग्रे पठामि वा नाव्ययीभावात् अतो तदपि पठामि वा? अस्तु। न अव्ययीभावादतो अतोम त्वपञ्चम्याः इत्यस्मात् सूत्रात् अव्ययीभावात् अतः अम् इत्येषाम् अनुवृत्तिः भवति। अनुवृत्तिसहितसूत्रं तृतीया सप्तम्योः अव्ययीभावात् अतः अम् बहुलम्। तर्हि अत्र एकं सूत्रमस्ति तृतीया सप्तम्योर्बहुलम्। अत्र किमस्ति तस्य पदविच्छेदः अस्ति तृतीया सप्तम्योः बहुलम्। अदन्तात् तर्हि यदि अदन्त पदमस्ति तर्हि अव्ययीभावात् नन्तरं यदि अदन्तपदमस्ति तर्हि तृतीयाविभक्तिः च सप्तमीविभक्तिः च स्थाने बहुलम् अम् आदेशः अस्ति। बहुलम् इत्युक्ते विकल्पः, परन्तु कुत्रचित् विकल्पेन भवति, कुत्रचित् अम् आदेशः नित्य भवति। अतः कुत्र विकल्पेन तथा कुत्र नित्यः इति प्रयोगं दृष्ट्वा एव कर्तुं शक्नुमः। सामान्यतया विकल्पेन स्वीकर्तुमेव शक्यते। प्रायः विकल्प यदि इष्टः तर्हि विकल्प अथवा वा एते द्वे शब्दयोः प्रयोगः भवन्ति, परन्तु अत्र बहुलम् अस्य शब्दस्य उपयोगम् अस्ति। तर्हि तृतीया च इतरेतर योगद्वन्द्वः सन्ति, तर्हि तृतीया सप्तम्यो इदानीं सूत्रस्य यदि पठनं कुर्मः तर्हि तृतीया सप्तम्योः इति षष्ट्यन्तं षष्टिविभक्तेः सन्ति, बहुलम् इति प्रथमान्तं, तर्हि द्विपदं सूत्रमस्ति इति। तर्हि अत्र सूत्रस्य अत्र केवलम् एतदस्ति यत् विकल्पेन अस्ति, कदाचित् विकल्पेन कदाचित् नित्यं, तर्हि कदा किं करणीयं तस्य निर्णयः प्रयोगं दृष्ट्वा एव करणीयः।
उत्तमम्। इत्युक्ते केवलं विकल्पेन इति तत्र केवलं विकल्पार्थः एव इष्टः चेत् विकल्पः इति पदमेव तत्र सूत्रे दृश्यते, किन्तु सूत्रे विकल्पेन इति न लिखितमस्ति। किमर्थम् इत्युक्ते बहुलम् इत्यनेन तत्र विशिष्टार्थः अस्ति इति कृत्वा, इत्युक्ते तत्र बहुलम् इति वदनेन तत्र कुत्रचित् नित्यरूपेण भवति, कुत्रचित् विकल्पेन भवति इति कारणतः सूत्रे बहुलम् इति पदं विशिष्टं पदं योजितमस्ति। अपि च अत्र सूत्रे केवलं द्विपदमिदं सूत्रम् इतरेतरयोगद्वन्द्वसमासः अस्ति इति कृत्वा, तत्र इतरेतरयोगः किमर्थं वदामः, तृतीया च सप्तमी च तयोः तृतीया सप्तम्योः द्वन्द्वसमासः भवति, इतरेतरयोगद्वन्द्वसमासः आहत्य तृतीयाविभक्त्यां सप्तमीविभक्त्याम् अदन्त अव्ययीभावसमासः विकल्पेन भवति। अत्र उदाहरणं स्वीकृत्य उपरामम् अस्ति चेत् किञ्चित् वदतु भगिनी, तृतीयाविभक्त्यां कीदृशरूपाणि भवन्ति उपरामम्?
उपरामम् इति पुनः तृतीया सप्तमी मध्ये एतत्तु उपरामम् अपि भवितुम् अर्हति, नो चेत् अम् आदेशविकल्पेन तर्हि उपराम केवलं भवितुम् अर्हति।
तथा न, अत्र राम इति पदम् अदन्तव्ययीभावात् अस्ति इति कृत्वा तत्र बहु विकल्पेन रूपद्वयं सिध्यति. तृतीयाविभक्त्याम् उपरामम् इति एकं रूपम्, उपरामेण इति अन्यत् रूपं, तथा एव
तृतीय एव वा तृतीय. तर्हि रामेण तथा च सप्तमी मध्ये रामे रामे तथा रामम् उपरामे उपरामम् इति द्वयोः रूपं सिद्ध्यं कर्तुं शक्नुवन्ति वा?
सुन्दरं सुन्दरं, तथा भवति. किन्तु पञ्चमी विभक्त्यां किं भवति इत्युक्ते उपरामात् इति एकमेव रूपम्
उपरामात्
अपञ्चम्याः इति उक्तमस्ति इति कृत्वा. किञ्चित् वदतु, उपवनम् इति पदमस्ति चेत् तृतीयायां सप्तम्यां पञ्चम्यां?
तर्हि उपवनं यदि शब्दम् पदमस्ति तर्हि पञ्चम्या मध्ये उपवनात् केवलम् एकं रूपमेव भवितुमर्हति उपरामात्, परन्तु तृतीयमध्ये उपवनेन तथा च उपवनम् अपि कर्तुं शक्नुमः. एवमेव सप्तम्याम् उपवने तथा च उपवनं द्वयोः रूपे चलन्ति.
उत्तमम् उत्तमम्. इत्युक्ते तृतीयाविभक्त्यां रूपद्वयं विकल्पेन सप्तमी विभक्त्यामपि रूपद्वयं सिद्ध्यति, किन्तु पञ्चमी विभक्त्याम् एकमेव रूपम्. अत्र बहुलम् इति एकं पदमस्ति, भगिनी कृपया म्यूट् करोतु, ध्वनिः अस्ति अत्र. धन्यवादः भगिनी. अत्र बहुलम् इति पदमस्ति. बहुलम् इति पदं कथं साधितम् इति अहं दृष्टवती, अतः वदामि. अत्र अदादिगणे एकः धातुः अस्ति, ला इति धातुः, तस्य रूपं लाति. अत्र बहून् अर्धान् लाति इति बहुलं, बहुलम् इत्युक्ते प्रचुरम् इति. लाति इति अदादिगणीयधातुः, ला धातोः रूपं. बहुलम् इत्युक्ते बहून् अर्धान् लाति इति अत्र दत्तमस्ति. इत्युक्ते बहुलम् इति कथनेन सूत्रे बहवः अर्थाः भवितुमर्हन्ति व्याकरणे इति विषयः. अत्र यत्र यत्र विकल्पेन रूपं भवति तत्र अमादेशः भूत्वा एकं रूपम्, अन्यस्मिन् पक्षे अमादेशः न भवति चेत् तत्र अन्यत् रूपम्. एतावता उपकृष्णम् उपकृष्णेन, उपकृष्णम् उपकृष्णे सप्तमी विभक्त्यां, केवलं पञ्चम्याम् उपकृष्णात् इति रूपं सिद्ध्यति. उत्तमम्. अनन्तरम् अत्र विनय् महोदय, भवान् पठतु अग्रिमं सन्धिसूत्रमस्ति अमिपूर्वः.
अमिपूर्वः अकवर्णात् अम्सम्बन्धि अच् परः चेत् पूर्वपरयोः स्थाने पूर्वरूपम् एकादेशः भवति. अमि सप्त्यन्तम्, पूर्वः प्रथमान्तं, द्विपदम् इदं सूत्रम्. अकः सवर्णे दीर्घः इत्यस्मात् सूत्रात् अकः इत्यस्य अनुवृत्तिः एकः पूर्वपरयोः संहितायाम् इति अनयोः अधिकारः. इको यणचि इत्यस्मात् सूत्रात् अचि इत्यस्य अनुवृत्तिः. अनुवृत्तिसहितसूत्रम् अकः अमि अचि पूर्वपरयोः एकः पूर्वः संहितायाम्. केवलमेक उदाहरणं जानामि. प्रातिपदिकं राम अस्ति, परन्तु राम यदि रामस्य अन्तः स्वर वर्ण अकारः अस्ति, तर्हि यदि अम् आगच्छति तर्हि रामं निष्पन्नः, रामां न निष्पन्नः. एकम् उदाहरणम् अहं केवलं जानामि, रामसमासः.
सुन्दरं महोदय, उत्तमम् उत्तमरीत्या उक्तवान्. तादृशं कार्यमेव भवतु. वदतु वदतु, समीचीनम् उदाहरणं वदतु. इत्युक्ते अत्र इदं सूत्रं सवर्णदीर्घसन्धेः अपवादसूत्रं, सवर्णदीर्घसन्धिं प्रबाध्य अमीपूर्वः इति सूत्रं कार्यं करोति. अत्र अकः सवर्णे दीर्घः इति सवर्णदीर्घसन्धेः विधायकसूत्रमस्ति. तस्मात् सूत्रात् अकः इति पदस्य अनुवृत्तिः अनुवृत्तिरूपेण आयाति. अपि च अस्मिन् सूत्रे अक् वर्णात् अं सम्बन्धी अच् परः चेत् अं सम्बन्धी अच् इति उक्तमस्ति. अं सम्बन्धी इत्युक्ते अम् इति प्रत्ययः अस्ति. अं प्रत्ययस्य आदिमवर्णः अकारः. अं सम्बन्धी अच् वर्णः परः अस्ति चेत् तदा पूर्वपरयोः स्थाने द्वयोः वर्णयोः स्थाने एकमेव रूपं, तत् रूपं किं? पूर्वरूपम् एकादेशः भवति. द्वयोः स्थाने पूर्वरूपम् एकादेशः भवति इति सूत्रं वदति. सवर्णदीर्घसन्धेः अपवादसूत्रमस्ति. इत्युक्ते अत्रापि समस्तप्रसङ्गे सन्धिः नित्यः, वयं जानीमः. अत्रापि यत्र कुत्रापि उपगृहयोगः अं योजयामश्चेत् उपगृह इत्यस्य पदस्य अन्ते अकारः अस्ति. अनन्तरम् उत्तरपदम् अं प्रत्ययस्य आदिमवर्णः अकारः अस्ति. तदा सवर्णदीर्घसन्धिः भवति स्म, किन्तु न भवति. तथा भवति चेत् अनिष्टं रूपं साधयामः, उपगृहाम् इति रूपमायाति. किन्तु अस्माकम् इष्टं रूपम् उपगृहं, तदा तस्मिन् सन्दर्भे अमिपूर्वः इति सूत्रेण पूर्वरूपादेशः भूत्वा उपगृहम् इति रूपम्, अथवा अस्य सूत्रस्य प्रसक्तिः बहुत्र आयाति. इत्युक्ते अन्ततो गत्वा यदा अं योजयामः तस्मिन् सन्दर्भे तत्र अकवर्णात् अं सम्बन्धि अचः परः, इत्युक्ते तादृशी स्थितिः तत्र प्रक्रियाकाले सम्भवति इति कृत्वा अमिपूर्वः इति सूत्रेण पूर्वरूपादेशः भवति. कोऽपि वदति वा अत्र यस्मिन् विधिस्तदादावल्ग्रहणे इति एकं वार्तिकं दत्तमस्ति, तद् वार्तिकं किं वदति? कोऽपि वदतु.
भगिनि, वल् प्रत्याहारे सर्वे वर्णा गृहीतं सन्ति. आदौ यत् अस्ति तस्य केवलं वर्णं गृहीतम् इति वार्तिकेन भवति. यस्मिन् विधि तत् आदौ वल् ग्रहणे इति भवति. सो अच् प्रत्याहारस्य यदि अम् अस्ति तस् अम् तस्य आदौ अकार अस्ति अच् अस्ति तत् अर्थ वल्ग्रहणे भवति. आदौ वल्ग्रहणे आगच्छति. तु अमि अम् अस्ति वल्ग्रह वल् प्रत्याहारे आगच्छति. आदौ वर्ण यत् अस्ति अकार तस्य ग्रहणम् भवेत्.
इत्युक्ते अहं चिन्तयामि अल् ग्रहणे इति लिखितमस्ति. अल् इत्युक्ते सर्वे सर्वे वर्णाः इत्युक्ते सर्वाणि सर्वे वर्णाः अल् ग्रहणे इति लिखितमस्ति. इत्युक्ते अत्र अनेन वार्तिकेन किम् अवगन्तुं शक्नुमः इत्युक्ते अजादि अमीपरे, अत्र अजादि अमीपरे इत्युक्ते अम् प्रत्ययस्य आदिमवर्णः अजादिः इति एव अत्र अवगन्तव्यम्. अनेन वार्तिकेन किञ्चित् कार्यं भवति इति भाति. उत्तमम्. अनन्तरम् अग्रे शीघ्रं सम्पूर्णं सूत्रं न पठामः अद्य. कदापि वदतु.
अत्र अक् वर्णात् अम् सम्बन्धी अस्ति. अक् वर्ण इत्युक्ते इदानीं तु इकार उकार अपि भवितुं शक्नोति. तत्र किं भवति?
अकः अमि परे. अक् वर्णः इत्युक्ते अक् प्रत्याहारे आयु ऋक् ऋक् पर्यन्तम् इत्युक्ते प्रथमसूत्रं द्वितीयं सूत्रम् अपि भवति. किं भवति अत्र अकः अमि अचि पूर्वपरयोः ई अस्ति चेत् किं भवति वा इति प्रश्नः
वा?
अदन्ताङ्गम्
अस्ति चेदेव तत्र अमादेशः
भवति.
नो चेत् केवलं नो चेत् भगिनी तत्र पदम् उत्तरपदम् इकारान्तपदमस्ति चेत् तत्र दीर्घ इकारान्तपदमस्ति चेत् केवलं ह्रस्वो नपुंसकात् प्रातिपदिकस्य इति सूत्रेण तस्य ह्रस्वत्वं भवति, तावदेव पर्याप्तं. किन्तु अदन्तमङ्गमस्ति चेदेव तत्र अमिपूर्वः इत्यस्य कार्यं भवति.
अपि पाणिनिलघ्वात् इति अनुवृत्तीकरण इति आगच्छति, यः आगच्छति अन्यपदं न दातुम् इच्छति, फलितार्थं यै भव अदन्तं भवति तत्र.
किन्तु ह्रस्व इकार ह्रस्व उकार अस्ति चेत्
उपनदी उपनदी भवति, तत्र नदी इति पदम् उत्तरपदम् अस्ति चेत् केवलं
नदी जानामि. किन्तु उपहरि उपगुरु अस्ति चेत्
तत्रापि केवलम् उपगुरु एव, अस्य प्रसक्तिः नास्ति, अदन्त अङ्गं नास्ति इति कृत्वा अस्य प्रसक्तिः न आयाति. यथा उपवनम् उपवनम् अस्ति चेत् उपवन योगः अम्
अत्र अक् अस्ति खलु, न तु
अयै सूत्रे तस्य कार्यं भवति, यथा अकसवर्णे दीर्घ अस्ति तत्र कार्यम् आगच्छति, अत्र न आगच्छति भगिनि.
इत्युक्ते
अत्र केवलम् अनुवृत्ति अस्ति.
यद्यपि अक् प्रत्याहारे अन्ये वर्णाः सन्ति चेदपि केवलं सवर्ण अचि परे यथा अकः सवर्णे दीर्घः कार्यं प्रबाध्य केवलम् अमिपूर्वः अदन्त अङ्गे अदन्तप्रातिपदिकेषु एव अस्य प्रसक्तिः भवति इति आहत्य फलितार्थः. यद्यपि लिखितमस्ति वदतु सरला भगिनी वदतु
भगिनी. तथैव अस्ति मम चिन्तनम् इति अस्ति.
अस्तु धन्यवादः.
अधुना किञ्चित् तत्र वाक्यद्वयं पठित्वा समापयामः. अत्र पुष्पा भगिनी भवती पठतु. अस्ति वा पुष्पा भगिनी? नो चेत्
भगिनि अस्मि भगिनि
पठतु.
सम्प्रति अष्टाध्यायी क्रमेण न तदेव न सम्प्रति अष्टाध्यायी क्रमेण अव्ययीभावसमाससूत्राणि पठिष्यामः. अव्ययीभावसमासस्य विषये मुख्यं सूत्रम् अस्ति अव्ययं विभक्ति समीपसमृद्धि विरुद्धि अर्थाभाव अत्यय असम्प्रति शब्दप्रादुर्भाव पश्चात् यथा पूर्व्या यौगपद्य सादृश्य सम्प्रति सम्पत्ति साकल्य अन्तवचनेषु इति मुख्यसूत्रं तत् सूत्रम् एतेन सूत्रेण अव्ययीभावसमासः षोडशेषु अर्थेषु विधीयते. अग्रे सूत्रस्य विवरणं दीयते.
एतदेव मुख्यं सूत्रम्. अस्मिन् सूत्रे षोडशपदानि सन्ति, तेषु अर्थेषु अव्ययपदं पूर्वपदं भवति, उत्तरपदं किमपि समर्थं सुबन्धपदं भवति, तदा अव्ययीभावसमासः भवति. एतत् मुख्यसूत्रमस्ति इति कृत्वा एतानि पदानि एतत् सूत्रं सर्वदा स्मर्तव्यम्. इत्युक्ते एतानि षोडशपदानि जानीमश्चेदेव वयं समासः अस्ति इति अभिज्ञातुं शक्नुमः. अस्मिन् सूत्रे केवलं पदद्वयम् अस्ति. प्रथमं पदम् अव्ययं, द्वितीयं पदं बहुदीर्घं पदम्. अत्र तदेव तस्य विवरणमेव अग्रिमे परिच्छेदे दत्तवती भगिनी. तत्र अन्तवचनेषु इति लिखितमस्ति अन्तिमभागे. इत्युक्ते द्वितीयं पदं सप्तमीविभक्ति बहुवचनं पदमस्ति, किन्तु तत्र विभक्ति समीप समृद्धि वृद्धि अर्थाभाव अत्यय सम्प्रति शब्दप्रादुर्भाव पश्चात् यथा आनुपूर्व्य यौगपद्य सादृश्य सम्पत्ति साकल्य अन्तवचनेषु. अत्र एतेषां पदानाम् अर्थः कः इति अग्रिमे सप्ताहे बहु विस्तरेण वयं पठित्वा अवगन्तुं शक्नुमः. तत् एकं वाक्यं लिखितमस्ति, भगिनी पठतु तद् वाक्यम्. अव्ययम्.
आम्, अव्ययं सुवन्तेन सह नित्यं समस्यते, अव्ययीभावसमासः च भवति. अव्ययस्य बहवः अर्थाः भवन्ति. सूत्रे षोडश अर्थाः उक्ताः, परन्तु तदधिकाः अर्थाः अपि भवितुम् अर्हन्ति. तदेव तद् अत्र षोडश एव दीयते, परन्तु बहवः अर्थाः सन्ति. अत्र षोडश एव दीयते.
उत्तमम्. अग्रे सूत्रस्य प्रसङ्गे किञ्चित् लिखितमस्ति, किन्तु अद्य टेक् होम् किम् इत्युक्ते किं पठितवन्तः सारांशरूपेण ज्ञातव्यं. तत् किम् इत्युक्ते अव्ययात् आप्सुपः इति सूत्रेण सुपः लुक् भवति, ह्रस्वो नपुंसके प्रातिपदिकस्य इति सूत्रेण अजन्तशब्देषु तत्र ह्रस्वत्वं भवति, अदन्तप्रातिपदिकेषु नाव्ययीभावादतोन्त्वपञ्चम्याः इति सूत्रेण तस्य अमादेशः भवति, लुक् न भवति, अपि च पञ्चमीविभक्त्यां न भवति, अपि च तृतीया सप्तम्योर्बहुलम् इति सूत्रेण तृतीया विभक्त्यां सप्तमीविभक्त्यां विकल्पेन रूपद्वयं सम्भवति इति अत्र सारांशः आहत्य. अपि च सन्धि चिन्तनावसरे सवर्णदीर्घसन्धिं प्रभाव्य अमीपूर्वः इति सूत्रेण तत्र पूर्वरूपादेशः भवति. एतानि सूत्राणि प्रक्रियाकाले बहु मुख्यसूत्राणि इति मत्वा एतानि सूत्राणि स्मर्तव्यानि. अधुना अत्र स्थगयाम. सर्वेषां धन्यवादः.
धन्यवादः भगिनि.
धन्यवादः.